अस्तु तर्हि अस्माकं न्याय अवलोकनवर्गे द्रव्याणां लक्षणवाक्यानि वयं परिशीलयन्तः स्मः. तत्र पृथ्वी, जलं, तेजः, वायुः, आकाशः इत्येषां लक्षणनिरूपणम् इति सञ्जातमासीत्. गतवर्गे प्रतिनियतग्राह्याः गुणाः इति विषयः स्पृष्टः. तत्र च रूपं, रसगन्धस्पर्शः, शब्दः अपि च आत्मनि विद्यमानः षड्गुणाः ज्ञानं, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः. एते गुणाः प्रतिनियतग्राह्याः इत्युक्ते एकेनैव इन्द्रियेण ग्राह्यन्ते, तादृशगुणाः इति दृष्टम् अस्माभिः. अपि च प्रत्यक्षयोग्यता कुत्र भवति इति अपि परिशीलितं. यस्य कस्यापि परमाणुपरिमाणातिरिक्तपरिमाणं च उद्भूतरूपं भवति तस्य प्रत्यक्षयोग्यता अस्ति इति दृष्टम्. एतत् सर्वम् आगतम् आकाशस्य लक्षणवाक्यप्रसङ्गे, शब्दगुणकम् आकाशमिति. तत्र आकाशस्य उद्भूतरूपं नास्ति इत्यतः प्रत्यक्षयोग्यता नास्ति इति कृत्वा कथम् आकाशः सिध्यति इत्यस्मिन् प्रसङ्गे एतत् सर्वम् आगच्छति. तत्र च आकाशः, वायुः अनुमानेन सिध्यमानौ पदार्थौ इति वयं किञ्चित् परिशीलितवन्तः. तस्मिन्नेव सन्दर्भे श्रोत्रेन्द्रियम् आकाशस्य इन्द्रियम् अस्ति श्रोत्रं. शब्दं यदिन्द्रियं गृह्णाति तद् श्रोत्रं, तच्च आकाशरूपमेव. आकाशः शरीरेन्द्रियविषयभेदात् न भिद्यते, एकमेव आकाशः, आकाशम् अथवा आकाशः इति वक्तुं शक्यते. आकाशस्य रूपमेव श्रोत्रम् इति. तत्र श्रोत्रस्य परिमाणस्य विषये दीर्घा चर्चा जाता. इतोपि किञ्चित् स्पष्टीकर्तव्यमस्ति तस्य कीदृशं परिमाणं श्रोत्रस्य. श्रोत्रस्य नित्यत्वं तु अस्ति इति वयं जानीमः. तर्हि कीदृशं परिमाणं स्यात् श्रोत्रस्य इति चर्चा अवशिष्टा अस्ति, पुनः परिशीलयिष्यामः इति चिन्तयामि. अधुना अग्रिमद्रव्यमस्ति कालः. सर्वे चतुर्पञ्चाशत्तमपुटं
भगिनी प्रश्नः अस्ति, ये मध्यमपरिमाणाः सन्ति ते प्रत्यक्षयोग्यम् इति भवत्या उक्तं वा?
आम्. हा, तर्हि भवान् किं चिन्तयति तत्र? प्रायः
मध्यमपरिमाणः इन्द्रियाः, घ्राणं, रसनम् एतादि इन्द्रियाः अपि मध्यमपरिमाणः एव, किन्तु ते प्रत्यक्षयोग्यं नास्ति किल?
सत्यं, न भवति एव इति तु सत्यं. मया यदुक्तम् इति चेत् तत्र परममहत् परिमाणस्य तु न भवति एव प्रत्यक्षयोग्यता रूपं नास्ति इति कृत्वा. परमाणुपरिमाणस्यापि न भवति एव, तत्र परिमाणमेव न्यूनं. तर्हि अवशिष्टं यत्किमपि अस्माभिः दृश्यते लोके तत्सर्वं मध्यमपरिमाणे एव इति सत्यं. परन्तु परन्तु तदपि उक्तवती यत् अस्तु, इन्द्रियाणाम् उद्भूतरूपं नास्ति इति कृत्वा तत्र त्वगिन्द्रियम् अपि च ग्राणेन्द्रियम् इत्यादीनां तत्र मध्यमपरिमाणं सत्यपि प्रत्यक्षयोग्यता नास्ति इति वार्ता.
इत्युक्ते मध्यमपरिमाणिनः प्रत्यक्षयोग्यम् इति वदामश्चेत् तत् असाधुः. परमाणुपरिमाणः, परममहत् परिमाणः प्रत्यक्ष अयोग्यः इति वदामश्चेत् तत् साधु. हा, तावदेव.
अस्तु अस्तु, नूतनतया कोऽपि अस्ति वा?
नमस्ते भगिनि, सन्ध्या अस्मि. अद्य केवलं शृणोमि भगिनि, पठितुं न शक्नोमि.
अस्तु अस्तु भगिनि, अस्तु. तर्हि अग्रिमद्रव्यमस्ति कालः इति. तत्र चतुःपञ्चाशत्तमे पुटे सर्वे पश्यन्तु कृपया. कालस्य निरूपणप्रसङ्गे उच्यते यत् अतीतादिव्यवहारहेतुः कालः. अतीतादिव्यवहारहेतुः कालः, स च एको विभुर्नित्यश्च इति. तर्हि अष्टलक्षणवाक्यानि सन्ति अस्मिन् ग्रन्थे, व्यवहारशब्दघटितानि अथवा व्यवहारपदघटितानि, नाम यस्मिन् व्यवहार इति शब्दः श्रूयते तादृश अष्टलक्षणवाक्यानि सन्ति, तेषु कालस्य लक्षणवाक्यमपि अन्यतमम् अस्ति. व्यवहारः इति जानीमः, परज्ञानजननार्थं शब्दप्रयोगः एव व्यवहारः. तर्हि कालः अपि व्यवहारः. कस्य व्यवहारः, कस्य ज्ञानं जनयति इत्युक्ते अतीतः इत्यादीनां ज्ञानं जनयति. तदर्थमेव अतीतादिव्यवहारहेतुः कालः इति उक्त्वा, स च एकः एव, विभुः च नित्यश्च इति उच्यते. अस्तु, तर्हि पञ्चपञ्चाशत्तमे पुटे रामप्रिया भगिनी एकं चित्रमस्ति, पश्यति वा? तस्मात् पूर्वं के के आगतवन्तः अधुना? कोऽपि अस्ति नूतन? पुष्पा भगिनी, अनन्तरं
वदनी अस्मि. नमस्कार.
नमस्कार भगिनि. अस्तु, तर्हि रामप्रिया भगिनी किञ्चित् तस्मिन् पुटे, पञ्चपञ्चाशत्तमे पुटे यद् चित्रमस्ति तद् विवृणोतु. प्रथमतया कालः कस्य कारणं, तत्र कारणं किं, कार्यं किम् इत्यादिकम् उक्त्वा वाक्यं वदतु अनन्तरम्.
कालः यदा, काले यदा कारणता अस्ति, शब्दप्रयोगे कार्यता इति अस्ति, अनन्तरं शब्दप्रयोगः एव कारणं ज्ञानस्य. तत्र शब्दप्रयोगे कारणता अस्ति, ज्ञाने कार्यता अस्ति. अत्र प्रथमम् आकारः भवति घटः अतीतः इति आकार, ज्ञानस्य आकारः भवति. ज्ञानं किं निरूपयति इत्युक्ते प्रकारता इति विशेषणं प्रकारता निरूपयति. अनन्तरं घटः इति विशेष्यं, तदपि ज्ञानं निरूपयति
इति सत्यं. किन्तु वस्तुतः घटे कीदृशी प्रभा अस्ति, ज्ञानात् ज्ञानं दीपम् इति आसीत् खलु तत्र उपमा, तत्र ज्ञानं दीपम् इति चेत् तस्मात् प्रभा आगच्छति, पतति कुत्र, घटे खलु. तर्हि घटे विद्यमाना प्रभायाः नाम किं?
प्रकारता. घटे विशेष्यता इति प्रभा.
हा, समीचीनं भगिनि. घटः विशेष्यः, तर्हि घटे विशेष्यता. पुनः विशेषणं किम्?
विशेषणम् अतीतत्वम् इति, तस्मिन् विशेषणता अस्ति, तदेव प्रकारता इति, तस्मिन् प्रकारता अस्ति, अतीतत्वे प्रकारता अस्ति.
हा, अतीतत्वे प्रकारता अस्ति, अतीतत्वम् इति विशेषणं. किमर्थम् अतीतः? अस्तु, भवत्या उक्तम् अतीतः घटः इति आकारः, किमर्थम् अतीतः इति विशेषणं नास्ति?
तद् विशेषणवाचकपदम् इति.
हा हा,
यदा सुन्दरः बालकः,
हा,
तत्र सुन्दरता इति विशेषणवाचकपदं, समानमेव अतीतत्वम् इति विशेषणवाचकपदम्.
अतीतः इति
विशेषणवाचकः,
विशेषणवाचकपदं, वस्तुतः अतीतत्वमेव विशेषणम् इति अस्ति. अस्तु, बहु समीचीनम्. अधुना घटे कीदृशधर्मः अस्ति?
घटे घटत्वम् इति धर्मः अस्ति.
अतीतत्वे?
अतीतत्वे अतीतत्वम् इति धर्मः अस्ति.
हा, इति अस्ति खलु. तर्हि घटे विद्यमानविशेष्यतायाः अवच्छेदकधर्मः कः?
घटे घटत्वम् इति अवच्छेदकधर्मः, अवच्छिन्ना भवति. घटः घटत्वेन अवच्छिन्ना भवति.
घटत्वेन अवच्छिन्ना का भवति?
विशेष्यता.
हा, घटत्वेन विशेष्यता अवच्छिन्ना भवति, अतः घटत्वम् अवच्छेदकः भवति, अवच्छेदकधर्मः. तद्वत् प्रकारतायाः विषये?
तद्वत् प्रकारतायाः अतीतत्वम् इति अवचिन्ना अवचिद्यते, अतीतत्वम् अतीतत्वत्वेन अवचिद्यते. का अवचिद्यते इत्युक्ते प्रकारता अवचिद्यते.
अवच्छिद्यते प्रकारता अथवा अवच्छिन्ना प्रकारता. यः यः अवच्छेदनं करोति सः अवच्छेदकः, सः तु अतीतत्वत्व इति धर्मः. अवच्छेद्या नाम या अवच्छिद्यते इति भवती उक्ति खलु, भवती उक्तवती समान एव अर्थे अवच्छिद्या भवति प्रकारता. अस्तु, आहत्य स्पष्टं स्यात्. कालः शब्दप्रयोगं जनयति, शब्दप्रयोगं ज्ञानं जनयति, पुनः ज्ञानं कं निरूपयति इत्युक्ते अतीतः घटः इत्यत्र घटस्य अतीतत्वं निरूपयति इति सर्वं दृष्टवन्तः. एतत् सर्वम् आदाय कालस्य लक्षणवाक्यं कथं भवति इति भगिनी तस्मिन् पुटे अन्तिमपरिच्छेदं पठतु कृपया.
तथा च आहत्य अतीतत्वत्व अवच्छिन्न प्रकारता निरूपित घटत्व अवच्छिन्न विशेष्यता निरूपक ज्ञान निष्ठ ज्ञानत्व अवच्छिन्न कार्यता निरूपित शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता निरूपित कारणता आश्रयत्वं कालस्य लक्षणं इति वाच्यम्.
हा, सम्यक्. इति दीर्घवाक्येन कालस्य लक्षणम् उक्तमस्ति. अस्तु, तर्हि तस्य सारांशः एवमेव, अतीतः इत्यस्य व्यवहारस्य हेतुः अथवा कारणं कालः इति. अस्तु, सम्यक् अस्ति. ततः अग्रे कालस्य विषये एव कालोपादयः इति आगच्छन्ति. उपाधिः इत्युक्ते सीमा अथवा बौण्ड्रि, येन भिद्यते कालः तादृशः अस्ति उपाधिः इति. कालः येन पृथक् क्रियते तादृशवस्तु अस्ति उपाधिः. अधुना कालः अनादि अनन्तः इति जानीमः, तस्य एवमेव यथास्थितस्य कालस्य व्यवहारयोग्यता नास्ति. नाम अतीतः वर्तमानः भविष्यति इत्येतादृशव्यवहाराः अथवा शब्दप्रयोगाः तथा सिद्ध्यन्ति यदा कालः अवच्छिन्नः भवति अथवा काले उपादयः भवन्ति. नो चेत् कालः अनादिः अनन्तः एकः एव इति उच्यते खलु. तर्हि कालोपाधिरूपेण क्रियाः भवन्ति. सूर्यस्य क्रियाः भ्रमणक्रिया इति उच्यते तैः. तां क्रियाम् आदाय काले उपाधिं स्थापयितुं शक्नुमः. सूर्योदयः इति एकः कालः, सूर्यास्तः इति एकः कालः इति. तद्वद् यानि कानि जन्यानि भवन्ति, जन्यानि इत्युक्ते यस्य जन्म भवति, तत्सर्वं कालोपाधिनिरूपणे उपयुक्तानि भवन्ति इति. गृहादीनां निर्माणम् इति अग्रिमपृष्ठे अस्ति, सप्तपञ्चाशत्तमे पृष्ठे. गृहादीनां निर्माणम् इति अपि एका क्रिया, सा अपि क्रिया कालस्य उपाधिः भवति इति बोध्यं. गृहस्य निर्माणम् अथवा अन्यत् किमपि स्वीकरोतु, तादृशी क्रिया, सर्वाः क्रियाः कालस्य उपादयः भवन्ति. तर्हि अत्र उच्यते यत् जन्यमस्ति, गृहम् इति जन्यमस्ति, एकस्मिन् काले सञ्जातम् अस्ति. तर्हि तादृशवस्तु यत्किमपि जन्यं भवति तदपि कालस्य उपाधिः भवति. अस्तु, इति एका वार्ता. अन्यः अंशः अस्ति, काले एते जन्यानि यदा जायन्ते तदा कालोपादयः भवन्ति इति जानीमः. अधुना एकस्मिन् क्षणे एव गृहद्वयं निर्मितं चेत्, अत्र यत्किमपि चिनोतु, शारदालयः पद्मालयः इति गृहद्वयम् अस्ति चेत्, शारदालयस्य पद्मालयस्य समानकाले एव निर्माणं भवति चेत्, तर्हि ताभ्यां गृहाभ्यां समानक्रिया अनुभूता भवति. नाम समानसूर्यास्तक्रिया, समानसूर्योदयक्रिया, तादृशसमानक्रियाः ताभ्यां गृहाभ्याम् अनुभूताः भवन्ति इति कृत्वा एते द्वे गृहे समानकालिकजन्ये इति वदामः. समानकाले जायन्ते, समानकालिकौ इति. तर्हि समानकालिकपदार्थाः अपि परस्परम् आधारः भवन्ति कालिकसम्बन्धेन इति एका वार्ता. अस्तु, सर्वं कालस्य विषये यदा चर्चा भवति तत्र वार्तात्रयं, कालः सर्वाधारः कालिकसम्बन्धेन, अपि च कालसङ्कोचक उपाधयः भवन्ति यथा मया उक्तम् अधुना. क्रियाः अथवा यत्किमपि जन्यं कालसङ्कोचकोपाधिः भवति. तृतीयः कालिकसम्बन्धः इति, कालः सर्वाधारः भवति कालिकसम्बन्धेन, अपि च समानकाले यद्यद् जायते तत् परस्पर आधारः भवति पुनः कालिकसम्बन्धेन एव इति वार्ता. तत्र षष्टितमे पुटे राजेन्द्रमहोदय पश्यति वा, चत्वारः बिन्दवः सन्ति स्थूलाक्षरे, कृपया पठतु.
उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि. नित्यानां तु सूत्रां, परन्तु तथाविध परिच्छेदयोग्यत्वा अभावात् महाकाल अतिरिक्त नित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक्. उपाधीनां परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. उपाधीनां कृते ये यथा कालस्य अवच्छिन्नः भवति उपाधीनां कृते, तत् जन्यानां नित्यानां च कालिक आधारः अस्ति.
महोदय, तत्र उपाधिना इति तृतीया विभक्ति अस्ति, यथा कन्दुकेन, घटत्वेन, तद्वत् उपाधिना परिच्छिन्नः इत्युक्ते उपाधयः महाकालस्य छेदनं करोति, कुर्वन्ति. हा, अस्तु. तादृशकालः
आधारः अस्ति जन्यानां नित्यानां च आधारः अस्ति, कालिक आधारः अस्ति.
हा हा, कालिकसम्बन्धेन आधारः
अस्ति इदानीमपि, पुनश्च कालिकेन आधारः भवति तत्र. ये उपाधिना महाकालं परिच्छिन्नः कुर्वन्ति ते जन्यानां नित्यानां कालिक आधारः भवति तेषां कृते.
हा, सत्यं, कालिकेन महाकालः आधारः भवति, नाम अधिकरणं भवति. इदानीं किञ्चित् अन्यनित्यद्रव्याणां विषये चिन्तनं कुर्मः. अस्तु, आकाशः घटः इति स्थितिः, तत्र कः कस्य आधारः इति वक्तुं शक्नुमः?
यथा यदा यदि घटः आकाशस्य अवच्छिन्नः करोति तत्र घटः आधारः भवति घट आकाशस्य कृते.
परन्तु हा, घटः आकाशे अस्ति, आकाशः घटे अस्ति इति वक्तुं शक्यते खलु? भवता यदुक्तं तत् सत्यं, घटः उपाधिरूपेण भवति आकाशे, आकाशस्य अवच्छेदनं करोति इति सत्यमेव. परन्तु तस्मिन् सन्दर्भे कः कस्य आधारः इति स्पष्टतया वक्तुं न शक्यते किल?
न शक्यते.
तत्र उच्यते यत् वृत्ति अनियामकसम्बन्धः भवति. वृत्ति अनियामक, वृत्ति अनियामकः इत्युक्ते, वृत्तिः इत्युक्ते आधेयः, आधेयः कः इति न नियमयितुं शक्नुमः. तादृशसम्बन्धः वृत्ति अनियामकसम्बन्धः भवति घटस्य आकाशस्य मध्ये. द्रव्ययोः मध्ये कीदृशसम्बन्धः महोदय?
आकाश
घट आकाशयोः मध्ये कः सम्बन्धः, संयोगः वा समवायः वा?
संयोगसम्बन्धः.
हा, संयोगसम्बन्धः अस्ति. तत्र वृत्ति अनियामकसम्बन्धः इति अपि उच्यते. हा, वस्तुतः अत्र कालस्य विषये तथा नास्ति. कालः सर्वदा आधारः भवति कालिकसम्बन्धेन. अस्तु, अग्रे.
कालः एव सर्व आधारः भवति भगिनि.
सत्यं सत्यं. हा सत्यं, किन्तु कालिकसम्बन्धेन.
कालिकसम्बन्धेन महाकालः सर्वाधारः अस्ति.
अस्तु, अग्रे.
जन्याः अपि तुल्यक्रिया.
क्षम्यतां भगिनी, नित्यानाम् इति विषये इतोपि किञ्चित् स्पष्टीकर्तुं शक्यते एव. अतीतः घटः इति स्थले उपाधिना परिच्छिन्नः महाकालः जन्यानां कालिकेन आधारः भवति इति मया अवगतः. किन्तु केन उदाहरणेन नित्यानां कालिकेन आधारः महाकालः भवति इति किमपि उदाहरणं वक्तुं शक्यते वा?
तत्र वस्तुतः नित्यानां विषये किमपि न वक्तुं शक्यते, यतोहि नित्याः सर्वदा भवन्ति खलु. यथा
प्रश्नः.
समीचीनं महोदय, अतः वक्तुमेव न शक्नुमः, परन्तु एतैः नैयायिकैः तथा मन्यन्ते इति अहं चिन्तयामि. तावदेव वक्तुं शक्नोमि
अधुना.
भवान् अन्यत् किमपि?
तत्र निरूपणं किमपि नास्ति इति
न, पुस्तके.
उपाधिना परिचिन्न महाकालः जन्यानां कालिकेन आधारः भवति इति वयं निरूपणमपि कर्तुं शक्नुमः, किन्तु नित्यानां कालिकेन आधारः भवति उपाधिना परिच्छिन्न महाकालः इति कथं तत् मया अवगन्तुमपि न शक्यते.
हा, परन्तु अस्तु, इति भवता यदुक्तं तदपि सत्यम्. अतीतः घटः, घटः भविष्यति, अथवा इदानीं किमपि अस्ति, तादृशव्यवहारः आकाशस्यापि सम्भवति खलु. इदानीम् आकाशः सर्वदा.
इदानीम् आकाशः इति
आकाशः सर्व अस्तु, आकाशनित्यत्वम् इति वदामश्चेत् आकाशः सर्वदा अस्ति इत्यपि आगच्छति किल.
आम्,
तेन आधारेण प्रायः ते साधयन्ति इति चिन्तयामि. आकाशः अपि काले कालिकेन सर्वदा भवति.
केवलं तादृशवाक्येनैव साधयितुं, यदि तत् साधनम् इति स्वीकुर्मश्चेत् तद् साधयितुं शक्नुमः. इदानीम् इति यदा कदापि वक्तुं न शक्यते, किन्तु कालः
सत्यं. किन्तु अस्मिन् पुस्तके
आकाशः नित्यः इति.
अस्मिन् पुस्तके इदानीम् आकाशः इति एकम् उदाहरणं दत्तं, सप्तपञ्चाशत्तमे पुटे तत्र अस्ति इदानीम् आकाशः इति. परन्तु अहमपि चिन्तयामि यत् अस्तु, नित्यः इति वदामश्चेत् नित्यः इत्युक्ते किं, कालसम्बद्धविषयः खलु नित्यत्वं. तेन माध्यमेन वक्तुं शक्नुमः यत् अस्तु, तदा काले सर्वदा भवन्ति एतानि नित्यद्रव्याणि अपि इति.
अस्तु भगिनि.
हा, इदानीम् आकाशः इति अस्ति पञ्च सप्तपञ्चाशत् अष्टपञ्चाशत्तमे पुटे, तत्र पठति चेत् प्राप्तम्. अस्तु अस्तु, राजेन्द्रमहोदय अग्रिमबिन्दुः.
जन्याः अपि तुल्यक्रियपरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि. ये अपि यत्किमपि जन्यम् अस्ति अस्मिन् संसारे, अत्र तुल्यक्रियापरिच्छेदकानां यथा सर्वेषां जन्यानां कालिकेन अधिकरणानि, कालः अधिकरणं भवति तत्र सर्वेषां. तत् एवं भगिनि,
जन्याः अपि तुल्यक्रियापरिच्छेदकानां, तुल्यक्रियापरिच्छेदकाः इति किं तत्र अर्थः कः?
तुल्यक्रियाः ये सन्ति तां तेषाम् अवच्छेदकं भवति सर्वेषां.
नाम तुल्यक्रियापरिच्छेदकः इत्युक्ते यथा मया उक्तं समानकालिकजन्यः गृहद्वयमस्ति द्वाभ्यामपि गृहाभ्यां समाना एका सूर्यास्तक्रिया वा अथवा सूर्योदयक्रिया अनुभूयते खलु तर्हि तादृशतुल्यक्रिया अनुभूतानां निखिलानां जन्यानां
कालिकेन अधिकरणानि कालः अधिकरणं भवति
अत्र कालः अधिकरणं भवति इति विषयः प्रथमबिन्दुः अस्तु द्वितीयबिन्दौ बिन्दौ अस्ति यत् तुल्यक्रियापरिच्छेदकानाम् इत्युक्ते एकस्मिन् समये हा समानकालिकानां निखिलानाम् इत्युक्ते सर्वेषां समानकालिकानां जन्यानाम् अपरः जन्यः भवति खलु हा अपरः जन्यः यद् भवति तस्मिन्नेव समये सः जन्यः इत्युक्ते सः वस्तु यत्किमपि जायते सः जन्यः अपि कालिकसम्बन्धेन अधिकरणं भवति इति इत्युक्ते जन्यानां समानकाले जातानां जन्यानां परस्परकालिकेन अधिकरणत्वम्
नित्यानां तु सूत्रां नित्यानां ये नित्य द्रव्याणि सन्ति तेषां कृते तु नित्रां निश्चयेन कालिकेन आधारः भवति
कः
नित्यानां ये नित्य
सत्यं नित्यानाम् आधारः इति भवान् अवगतवान् इति समीचीनमेव अधुना नित्यानाम् आधारः भवति कालिकेन कः
यथा महाकालः सर्व आधारः
इति प्रथमबिन्दुः तत् समाप्तं द्वितीयबिन्दौ जन्यानां विषये अस्ति खलु जन्याः इत्यस्मात् आरभ्य अस्ति खलु वाक्यं जन्याः केषां केषाम् अधिकरणानि भवन्ति इति वार्ता प्रथमतया जन्याः तुल्यक्रियापरिच्छेदकानाम् अधिकरणं भवन्ति अधिकरणानि भवन्ति तदनन्तरं नित्यद्रव्याणामपि जन्याः अधिकरणानि भवन्ति
परन्तु नित्यद्रव्याणां तु जन्याः
हा 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 सत्यं सत्यं नित्यद्रव्यं न जायते इति सत्यं परन्तु अत्र किं वक्तुम् इच्छामः चेत् नित्यद्रव्यं तु भवति सर्वदा परन्तु एकस्मिन् काले यत्किमपि जायते जन्यं तस्मिन् समये नित्यं भवति न वा नित्यद्रव्यं भवति खलु अतः समानकालिक हा नित्य अतः यत्किमपि जायते तदा आकाशः भवति एव यत्किमपि जायते तदा दिग् इति भवति एव अथवा अन्यत् नित्यद्रव्यं स्वीकरोतु आत्मा तदपि भवति एव घटस्य जननसमये घटः इति जन्यं तस्य जन्मनः समये नित्यं तु भवति एव नित्यद्रव्याणि खलु इति कृत्वा घटः अपि च नित्यद्रव्यस्य तुल्यक्रियापरिच्छेदकत्वम् अस्ति इति वक्तुं शक्यते खलु अतः समानकालिकः अतः जन्याः नित्यद्रव्याणामपि अधिकरणानि भवन्ति इति वार्ता बुद्धं
किञ्चित् क्लिष्टकरम् अस्ति
अस्तु द्वितीयवाक्यात् जन्याः इति पदम् आनयतु तृतीयवाक्ये वाक्यं कथं भवति
जन्याः नित्यानां तु तुल्यक्रिया समानकालिक
तद् त्यजतु जन्याः
नित्यानां तु
सूत्राम् अधिकरणानि इति
अधिकरणानि कालिकेन अधिकरणानि
इति वाक्यं सत्यमेव खलु जन्यः इत्युक्ते घटः पटः सः जन्यः घटः नित्यद्रव्यस्य आकाशस्य अधिकरणम् अस्ति कालिकसम्बन्धेन खलु यतोहि यदा घटः जायते तदा आकाशः भवति एव
भवति एव अस्तु 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 अस्तु
हा इति अस्ति
कालिकेन कालिकसम्बन्ध अधिकरणं भवति कालिकेन अधिकरणं भवति
इत्युक्ते भगिनि यदा घटः जायते क्षम्यतां यदा घटः जायते घट आकाशः अपि जायते इति वक्तुं शक्नुमः अतः जन्याः नितरां नित्यानां कालिकेन अधिकरणानि भवन्ति इति
सत्यं परन्तु घट आकाशः जायते इति प्रतीतिः अस्ति न वा इति न जाने घटेन परिच्छिन्नः आकाशः इति सत्यम्
आम् इति व्यवहारं कर्तुं शक्नुमः किल घटः वयं जायमानः घटे घटाकाशः अपि जायते तस्मिन् घटाकाशे अन्यद्रव्याणि वयं स्थापयितुम् अपि शक्नुमः तस्य परिमाणमपि वयं तत् कृशः वा स्थूलः वा इति अपि वक्तुं
शक्नुमः
तादृशव्यवहारं
हा परन्तु आकाशः नित्यद्रव्यं सत् तस्य जायते इति प्रतीतिः भवितुम् अर्हति वा इति मम प्रश्नः
आकाशस्य कदापि जायते इति प्रतीतिः न भवति किन्तु घटाकाशस्य घटेन अवच्छिन्न आकाशस्य जायमानप्रतीतिः भवति एव अतः अतः घटः नित्य आकाशस्य कालिकेन अधिकरणं भवितुम् अर्हति इति तृतीयबिन्दुः
हा समीचीनं किन्तु अस्माभिः तथा न चर्चितं घटस्य जायते इति भवति न वा इति न जानीमः परन्तु एतत्तु वक्तुं शक्नुमः नित्यः आकाशः यदा घटः जायते तदा तु भवति एव खलु नित्यत्वात् अनेन मार्गेण अपि अस्तु उभयोः परस्पर अधिक क्षम्यतां जन्यः नित्यस्य अधिकरणं भवति इति तु वक्तुं शक्यते
शक्नुमः जन्यः यथा घटः घट आकाशस्य अधिकरणं तु भवति
अस्तु चतुर्थः बिन्दुः महोदय
तथाविद् परिच्छेदयोग्यता अभावात् महाकाल अतिरिक्त नित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक् यथा पूर्वं बिन्दवः दृष्टवन्तः तथा विद् परिच्छेदयोग्य अभावात् महाकाल अतिरिक्त ये अन्य नित्यद्रव्याः सन्ति ते कालिकेन अधिकरणानि न भवन्ति महाकालः महाकालः सर्वाधारः तथैव तथा नित्य अन्यनित्यद्रव्याः अधिकरणानि न भवन्ति
हा तत्र उक्तं कालिकेन अधिकरणानि न भवन्ति इति वार्ता अस्ति अपरेण सम्बन्धेन भवितुम् अर्हन्ति परन्तु कालिकेन न भवन्ति इति दिक् इत्युक्ते अलम् अधुना पर्याप्तम् इति बुद्धम्
एकवारं कृपया पुनः वदतु परिच्छेदयोग्य योग्यता अभावात्
अत्र तथाविधपरिच्छेदयोग्यत्वाभावात् इति उक्तं तथाविध इत्युक्ते कालिकसम्बन्धेन परिच्छेदयोग्यता नास्ति नित्यानां हा तादृशपरिच्छेदयोग्यत्वाभावात् महाकालातिरिक्ताः नित्याः नाम आकाशः दिशः दिक् इत्यादयः कालिकसम्बन्धेन अधिकरणानि न भवन्ति इत्युक्ते कालस्य अवच्छेदकाः भवति क्रिया वा अन्यत् किमपि परन्तु नित्याः सर्वदा भवन्ति इति कृत्वा तेषां कालिकेन परिच्छेदनमपि न भवन्ति भवति अपि च ते अधिकरणानि अपि न भवन्ति जन्याः अधिकरणं भवति कालिकसम्बन्धेन कालः स्वयं सर्वाधारः कालिकसम्बन्धेन, नित्याः तथा न सन्ति.
भगिनी अन्या नित्या आकाश कालप्रति अधिकरणं न भवति.
सत्यं, काल कालप्रति अधिकरणं कालिकेन न भवन्ति.
आम्
अस्तु, अपरेण सम्बन्धेन भवितुम् अर्हति न वा इति द्रष्टव्यम्. अस्तु, अग्रिमविषयः अस्ति दिशः निरूपणम् इति. दिश् दिग् अपि प्राच्यादिव्यवहारहेतुः दिक्, यथा कालः कस्यचित् व्यवहारस्य हेतुः तद्वत् दिग् अपि व्यवहारस्य हेतुः इति कृत्वा इतोपि एकं द्रव्यं निर्मितं दिग् इति. सा अपि एका एव विद्वि, नित्या च, तत्र स्त्रीलिङ्गपदमस्ति दिग् इति कृत्वा तदर्थमस्ति. अस्तु, तत्र चित्रे अपि प्रदर्शितम् उदयगिरि इति कश्चन प्रदेशः, प्राची उदयगिरि इति आकारः, नाम प्राची इत्युक्ते पूर्वः, ईस्ट् इति, प्रतीची वेस्ट् इति, उदीचि इति नार्त् अस्ति, अपाची इति सौत् अस्ति इति उक्तमासीत्. तर्हि चित्रे प्रदर्शितं यत् प्राची उदयगिरिः इति व्यवहारस्य कारणं भवति दिक्. दिक् इति द्रव्यम् अस्ति चेदेव प्राची प्रतीचि इत्यादयः व्यवहारः आगच्छन्ति इति दिशः निरूपणमासीत्. अधुना अग्रिमद्रव्यमस्ति आत्मा इति, तत्र किञ्चित् पठेम. तर्हि अग्रिमपृष्ठे शुकवनमहोदय पठितुमिच्छति वा?
हा पठामि भगिनि. ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तं, ततः किल? उद्देशक्रमानुसारम् आत्मानं निरूपयति. ज्ञानाधिकरणम् आत्मा, सः द्विविधः, जीवात्मा परमात्मा च इति. तत्र ईश्वरः सर्वज्ञः परमात्मा एक एव, जीवस्तु प्रतिशरीरं भिन्ना विभुर् नित्यश्च इति. इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञान अधिकरणमात्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय, ग्रहणदार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते. कालनिरूपणे दर्शितरीत्या सर्वेपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपादौ च वर्तन्ते, ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते. ज्ञानवान् मूलग्रन्थे तर्कसङ्ग्रहे ज्ञानवान् आत्मा इति स्थले ज्ञानाधिकरणमात्मा इत्येव दत्तमस्ति. तत् किमर्थम् इत्युक्ते सम्बन्धविशेष सूचनया तादृशं ज्ञानस्य आत्मनोः मध्ये अधिकरण आदेय अधिकरणत अधिकरणतासम्बन्ध अधिकरणसम्बन्धः अस्ति इति स्वीकृत्य सम्बन्धसूच्या ज्ञान अधिकरणमात्मा इति मूलग्रन्थे उक्तम् इति तत्र दत्तमस्ति.
हा, इत्युक्ते तत्र विशिष्टसम्बन्धः आनेतव्यः, अग्रे परिशीलयिष्यामः. समवायेन ज्ञानमात्मनि अस्ति.
आम्, अग्रे पठेम वा?
हा, इति सूचनार्थं ज्ञानाधिकरणमात्मा इति तैः उक्तम्.
ओ,
अत्रापि
विशेषसम्बन्धः अस्ति इति सूचनाय.
अत्रापि भवता पठितं ज्ञानं कालिकसम्बन्धेन महाकाले अस्ति खलु, तद् न इष्टं. ज्ञाने या आधेयता अस्ति सा विशिष्ट आधेयता अस्ति आत्मानं प्रति. आत्मनि समवायेन एव अस्ति इति अग्रे विवृतमस्ति, पठेम. अस्तु, अग्रे किञ्चित् पठतु महोदय. बुद्धिः
सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः इत्युक्ते पुण्यम् अधर्मः इत्युक्ते पापं भावनाख्यासंस्काराः इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः. विशेषगुणः तद्द्रव्यमात्रवृत्तिः भवति. यथा उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः पृथिव्याः विशेषगुणः, तादृशम् एते नवपदार्थाः बुद्ध्यारभ्य भावनासंस्काराः पर्यन्तं ते आत्मनः विशेषगुणाः एव. तथा बुद्ध्यादयः नव आत्मनः गुणाः. तेषु अन्तिमाः त्रयः इत्युक्ते धर्मः अधर्मः भावनाख्यसंस्कारः न मनसा गृह्यन्ते. इत्युक्ते बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः मन इन्द्रियेण ग्राह्यः, किन्तु धर्मः अधर्मः भावनाख्यसंस्कारः ते मनसा न गृह्यन्ते. ते अतः ते अतीन्द्रियाः. तथापि वक्ष्यमाणप्रकारेण
अत्र किञ्चित् वक्तव्यमस्ति. करपत्रं प्रेषितवती शनिवासरे, अद्यापि प्रेषयामि. तर्हि तत्र एते त्रयः गुणाः, धर्मः अधर्मः भावनाख्यसंस्कारः अतीन्द्रियाः, इत्युक्ते केनापि इन्द्रियेण न गृह्यन्ते तादृशाः. तर्हि तेषां कल्पनां कथं कृतवन्तः ते नैयायिकाः? इत्युक्ते व्यापारमाध्यमेन इति. व्यापारम् इत्युक्ते माध्यमं, कस्य कारणस्य अपि च कार्यस्य मध्ये माध्यमं, माध्यमरूपेण यद्भवति तदेव व्यापारः इति उच्यते. तर्हि धर्मः अधर्मः भावनाख्यसंस्कारः व्यापाराः. कस्यचित् आत्मनि, कस्यचित् मनुष्ये सुखं दृष्ट्वा, अस्तु सः धर्मं कृतवान् अतः सुखी अस्ति. सुखम् इति कार्यं, कारणं यत्किमपि भवतु,
किन्तु धर्मसुखयोः परस्पर कारणकार्यता निरूपणं ते कथं कुर्वन्ति?
कार्यकारणभावः नास्ति इत्येव वक्तुम् इष्टवती. तत्र व्यापारः इति भिन्नः, कारणमिति भिन्नं. करपत्रे विवृतमस्ति, करपत्रं प्रेषयिष्यामि, किन्तु स्थूलरीत्या वदामि अत्र. इदानीं काष्ठः अस्ति खलु, वुड् इति, हा वुड् इति काष्ठः अस्ति. काष्ठस्य भेदनस्य कारणमस्ति कुठारः, एक्स्. कारणमस्ति, कार्यमस्ति खलु, किन्तु तयोः मध्ये यत्किमपि भवति, इत्युक्ते कुठारस्य उन्नयनं, कुठारस्य पातनं, तदा एव काष्ठः भिन्नः भवति. काष्ठभेदनं कर्तुं शक्नुमः खलु. तर्हि कारणमस्ति, कार्यमस्ति, तस्मिन् मध्ये यत्किमपि जायते, यः कोऽपि हस्तेन नयति कुठारं, तन् पातयति, एतत् सर्वं व्यापारः इति उच्यते. तद्वत् धर्मः अपि व्यापारः, सुखस्य च दुःखस्य, क्षम्यतां, धर्मः सुखस्य व्यापारः, अधर्मः दुःखस्य व्यापारः, भावनाख्यसंस्कारः इति यदस्ति तत्तु स्मरणस्य व्यापारः. स्मरणजननार्थं कस्यचित् आत्मनि तादृशसंस्कारः भवति चेत् स्मरणमागच्छति इति नैयायिकानां मतम्.
ओ, इत्युक्ते धर्मसुखयोः मध्ये साक्षात् कारणकार्यभावः नास्ति इति तेषां मतम्.
सत्यं,
तादृशं व्यवह्रियते, तादृशं व्यवह्रियते. यदा एकः सुखः अनुभूयते तत् केनापि पुण्येन एव इति ते व्यवह्रियन्ति.
सत्यं, सुखस्य कारणं यत्किमपि स्यात्, सः यत् कृतवान् तादृशकार्यं वा अथवा किमपि स्यात्, तत् कार्यं धर्मनिष्ठं कार्यमस्ति चेत् तस्मिन् सुखम् अस्ति. अथवा दुःखं, कस्यचित् शिशुः, नवजातशिशुः दुःखं पश्यामश्चेत् शिशुः तु किमपि न कृतवान् खलु, कथं वा दुःखी अस्ति अथवा रोगग्रस्तः अस्ति इत्युक्ते धर्मः अधर्मः, कुतश्चित् आगतः अधर्मः, पूर्वजन्मतः वा अथवा यत्किमपि भवतु, तादृशः अस्ति अधर्मः इति ते वदन्ति, व्यापारमाध्यमेन कल्पयन्ति. अस्तु, इति वार्ता अस्ति. अग्रे भारती भगिनी पठति वा?
पठामि भगिनि. तथापि वक्ष्यमाणप्रकारेण इति वा?
सत्यं भगिनि.
तथापि वक्ष्यमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः अतः सर्वे आत्मनः विशेषगुणाः भवन्ति, तेषाम् आश्रयः गुणी आत्मा। गुणगुणिनोः समवायः प्रागुक्तः, अतः ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते। एवं घटो द्रव्यमिति एकं ज्ञानं स्वीकृतम्। अस्य ज्ञानस्य विषयः घटः, घटे ज्ञानस्य विषयता वर्तते, अतः तज्ज्ञानं विषयतासम्बन्धेन घटे वर्तते। आत्मा विशेषगुणाः, विशेषगुणाः इत्युक्ते वेद उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः पृथिव्याः विशेषगुणः, तथा बुद्ध्यादयः नव आत्मनः गुणः।
इदानीमेव चर्चितं त्रयः, अन्तिमत्रयः एव व्यापाररूपेण कल्पिताः इति जानीमः। अस्तु,
अन्तिमाः, अन्तिमाः इत्युक्ते त्रयः न मनसा गृह्यन्ते इत्युक्ते धर्मः।
भगिनि, इदानीं चर्चित सत्यम्, इदानीं चर्चितवन्तः मनसा न गृह्यन्ते, महोदय पठितवान्, ततः अग्रे गच्छतु। व्यापाररूपेण ते कल्पिताः, भवती अपि तत् पठितवती खलु। अस्तु, एते सर्वे आत्मनः विशेषगुणाः, तेषाम् आश्रयः गुणी आत्मा। आत्मस्य आत्मनः अपि च गुणि एतेषां गुणानां कीदृशसम्बन्धः अस्ति?
समवायसम्बन्धः।
हा, समवायसम्बन्धः इत्युक्ते किं? ज्ञानम् आत्मनि केन सम्बन्धेन भवति?
ज्ञानम् आत्मनि समवायसम्बन्धेन अस्ति,
समवायसम्बन्धेन वर्तते। इदानीं घटः द्रव्यम् इति एकं ज्ञानम्, अथवा अयं घटः इति एकं ज्ञानम् अस्ति खलु। हा, तस्य ज्ञानस्य विषयः कः?
विषयः अस्ति घटः।
हा, बहु समीचीनं, ज्ञानस्य विषयः घटः अस्ति। तर्हि अग्रिमवाक्यं पठतु।
घटे ज्ञानस्य विषयता वर्तते,
घटे ज्ञानस्य विषयता वर्तते घटे। अतः किं वक्तुं शक्नुमः? ज्ञानं विषयता सम्बन्धेन घटे वर्तते इति वक्तुं शक्यते खलु। हा, इत्येव अग्रिमवाक्यमस्ति, ज्ञानं विषयता सम्बन्धेन घटे वर्तते। घटः विषयिता सम्बन्धेन ज्ञाने वर्तते इत्यपि ज्ञातवन्तः पूर्वम्।
घटः विषयिता सम्बन्धेन ज्ञाने वर्तते।
हा, सत्यम्, इति तु सम्बन्धः अस्ति उभयोः मध्ये, परन्तु अत्र वार्ता का इति चेत्, ज्ञानम् आत्मनि समवायेन वर्तते, ज्ञानं घटे विषयता सम्बन्धेन वर्तते इति आगच्छति खलु। तर्हि आत्मा कुत्रचित् वर्तते भिन्नभिन्नसम्बन्धैः, परन्तु आत्मनः लक्षणवाक्ये किम् अपेक्षितम् इति अग्रे अस्ति, पठतु अग्रे।
विषयता इत्यादि व्यापाररूपः अस्ति वा?
न न न, विषयता तु सम्बन्धः खलु, घटे विषयता तु घटे अस्ति, व्यापारः नास्ति, परन्तु विषयता सम्बन्धेन ज्ञानं घटे वर्तते इति वक्तुं शक्नुमः।
व्यापारः कुत्र अस्ति अत्र?
धर्मः, अधर्मः, भावनाख्यसंस्कारः इति एते त्रयाः व्यापाराः भवन्ति।
एवं च एकस्य एव ज्ञानस्य त्रयः सम्बन्धाः आगताः, कालिकः आद्यः समवायः विषयता च। तत् सम्बन्ध अवचिन्न आदेयता निरूपिता अधिकरणताः तिस्रः क्रमेण काले आत्मनि घटे च वर्तन्ते. तासु अधिकरणतासु या द्वितीय अधिकरणता ज्ञानत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आदेयता निरूपित अधिकरणता सा आत्मलक्षणे प्रविष्टा इति सूचनाय ज्ञानवान् आत्मा इति अनुक्त्वा ज्ञानाधिकरणकारणम् आत्मा इत्युक्तम्.
इत्युक्ते अत्र ज्ञानम् इति कालिकसम्बन्धेन काले वर्तते. विषयतासम्बन्धेन कुत्र वर्तते?
घटे वर्तते.
हा, पुनः आत्मनि केन सम्बन्धेन वर्तते?
आत्मनि समवायसम्बन्धेन वर्तते.
हा, तर्हि अधिकरणता बहुत्र अस्ति खलु. ज्ञानस्य अधिकरणता बहुत्र अस्ति. काले अस्ति, घटे अस्ति, आत्मनि अस्ति. तासु अधिकरणतासु या द्वितीया अधिकरणता नाम समवायसम्बन्धेन प्रदर्शिता अधिकरणता सा एव आत्मलक्षणे प्रविष्टा इति ज्ञापयितुम् इच्छन्ति अत्र तावदेव.
ज्ञानाधिकरण आत्मा, ज्ञानाधिकरणम् आत्मा.
हा, इत्यत्र कीदृश अधिकरणता इत्युक्ते भवती पठितवती ज्ञानत्व अवच्छिन्न समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता तादृश अधिकरणता आत्मनि अस्ति. इति एव ज्ञानाधिकरणम् आत्मा इत्यनेन तदेव अवगन्तव्यः अवगन्तव्यम् इति उच्यते तैः. अस्तु, हा, अस्तु भगिनि. अधुना अग्रिमविषयः अस्ति वृत्तिनियामकसम्बन्धः वृत्ति अनियामकसम्बन्धः इति, अथवा वृत्तिनियामकसम्बन्धः वृत्तिनियामकसम्बन्धः वृत्तिनियामकत्व अभावः इति. वयं यदा कदापि किञ्चित् कुत्रचित् अस्ति इति वदामः, इत्युक्ते इदम् अत्र स्थूलाक्षरैः लिखितमस्ति, पश्यन्तु, इदम् अत्र वर्तते इति अस्ति खलु. इदम् अत्र वर्तते इति वदनेन वर्तते इति कश्चन पारिभाषिकशब्दः, यस्य कस्यापि स्पीकर् अस्ति कृपया मास्तु. अस्तु, तादृशपारिभाषिकशब्दं दृष्ट्वा किं जानीमः? इदम् अत्र वर्तते इत्युक्ते इदम् इति आधेयः, अत्र इति अधिकरणम् अस्ति. अस्तु, तत्र उदाहरणानि दत्तानि सन्ति. इदानीं सरला भगिनी वदतु, पटः कुत्र वर्तते भगिनि?
तन्तुषु वर्तते.
हा, पटः तन्तुषु वर्तते, केन सम्बन्धेन वर्तते?
समवायसम्बन्धेन वर्तते.
हा, पुनः आत्मनि ज्ञानं वर्तते इत्यत्र?
आत्मनि ज्ञानं ज्ञानसम्बन्धेन वर्तते.
हा, इति स्पष्टमस्ति. हा, सर्पः अस्ति, तस्मिन् प्रसर्पणक्रिया वर्तते इति वदामश्चेत् तत्रापि पुनः अधिकरणम् आधेयः इति किं तत्र? हा, इति सत्यं, किन्तु तत्र आधेयः अपि च अधिकरणं स्पष्टमस्ति वा?
तत्र यदि वदामः केवलम् आधेय अधिकरण यदि वदामः तत्र किम् आधेयति किम् अधिकरणमस्ति स्पष्टं नास्ति
न. इदानीं सर्पे क्रिया वर्तते इति कोऽपि वदति चेत् तत्र स्पष्टमस्ति वा अधिकरणं किम् आधेयः?
तत्र स्पष्टमस्ति. अस्तु,
तत्र किं किं किम् अस्ति, किम् अधिकरणमस्ति?
सर्पे सर्प अधिकरणम् अस्ति, क्रिया सर्पक्रिया तस्मिन् आधेयता अस्ति, आधेय अस्ति क्रिया.
हा, हा, इति अस्ति खलु सर्वत्र. अपि च कालस्य विषये अपि तत्र स्पष्टता अस्ति वा?
स्पष्टता अस्ति कालस्य विषये,
इत्युक्ते कालः सर्वाधारः इति उच्यते खलु.
कालः सर्वाधारः अस्ति, यदा वयं वदामः अतीतघटः कालिकसम्बन्धेन काले वर्तते.
हा, तर्हि तत्रापि अधिकरणं किं कालः,
अधिकरण स्पष्टता अस्ति.
स्पष्टता अस्ति, बहु सम्यक्. इदानीं भूतले घटः अस्ति इत्यत्र
तत्र संयोगसम्बन्धः अस्ति, तत्र अपि आधार आधेयभाव अधिकरणं भूतलं स्पष्टम् अस्ति.
अधिकरणं किम् इति स्पष्टमस्ति, आदेयः कः इति स्पष्टमस्ति, अथवा वृत्तिः, वृत्तिः इत्युक्ते आदेयः, आदेयः कः इति स्पष्टतया वक्तुं शक्नुमः.
तद्वदेव यदा भवती उक्तवती
इति अस्ति. पुनः भूतले घटाभावः अस्ति इत्यत्र
तत्र स्वरूपसम्बन्धः अस्ति.
हा, स्वरूपसम्बन्धः अस्ति, अपि च आधेयः कः इति निश्चितः अस्ति वा?
आम्, घटाभाव घटाभाव आधेयः अस्ति, भूतले अधिकारं भवति.
हा, इति वार्ता अस्ति. हा, तर्हि एते चत्वारः सम्बन्धाः, संयोगः, समवायः, अपि च स्वरूपसम्बन्धः इति भवती यदुक्तवती, अपि च कालिकसम्बन्धः, एते चत्वारः सम्बन्धाः तत्र यत्र भवन्ति तत्र परस्परसम्बन्धिनोः मध्ये स्पष्टतया ज्ञातुं शक्नुमः वृत्तिः अथवा आधेयः कः अथवा अपि च अधिकरणं किम् इति कृत्वा वृत्तिनियामकसम्बन्धः इति
उच्यते.
हा, अस्तु इति अस्ति, परन्तु विषयता स्थले तथा नास्ति. किमर्थं चेत् विषयता, अत्र किम् उक्तं, ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति अपि अस्ति खलु.
आम्,
हा,
घटज्ञाने विषयिता सम्बन्धे अस्ति,
सम्बन्धे नास्ति इति अपि सत्यमस्ति. तत्र मतत्व अग्रिमपृष्ठे पश्यतु, मतद्वयं वर्तते तत्र स्थूलाक्षरैः लिखितमस्ति, गदाधरभट्टाचार्याणाम् आशयः. एकः नैयायिकाः अस्ति गदाधरभट्टाचार्याः इति. हा, तेषां मतेन विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते, विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीनः एव. नाम तेषां मतेन, गदाधरभट्टाचार्याणां मतेन, तादृशवृत्तिनियामकत्वम् अस्ति विषयिता विषयतासम्बन्धे अपि.
सम्बन्धे अपि अस्तु.
अस्तु,
आम्, गदाधरभट्टाचार्य सः उच्यते, तेन उच्यते विषयतासम्बन्धेन अपि अधिकरणम् आधेयभाव स्पष्टम् अस्ति. यथा वयं ज्ञान विषयतासम्बन्धेन आत्मनि वर्तते, सो आत्मनि भवति अधिकरणं, ज्ञानं भवति आधेय. तत्र अपि वृत्तिनियामक सम्बन्ध वयं वदामः.
हा, इति ते वदन्ति, तर्हि विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इत्यस्य अर्थः कः? आत्मविषयकं ज्ञानम् आत्मनि वर्तते, परन्तु वयं जानीमः यत् ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते इति आगतं खलु पूर्वं, परन्तु अत्र ज्ञानं स्वयम् आत्मविषयकं भवति, नाम आत्मनि विषयता भवति अहम् आत्मा इत्यस्मिन् स्थले. तर्हि किं वक्तुं शक्नुमः, ज्ञानं विषयता सम्बन्धेन आत्मनि वर्तते इत्यपि वक्तुं शक्नुमः इति. इत्युक्ते विषयतासम्बन्धः अपि वृत्तिनियामकसम्बन्धः इति गदाधरभट्टाचार्याणां मतानुगुणम्. अपरः कश्चन नैयायिकः अस्ति, श्रीमज्जगदीशतर्कालङ्काराः इति. तेषां मतानुगुणं तु तथा न भवति. ते वदन्ति यद् अस्तु, यदा कदापि घटः अपि च ज्ञानं तयोः सम्बन्धः उत्पन्नः भवति तदा केवलं तयोः मध्ये विषयितासम्बन्धः अस्ति, नाम विषयितासम्बन्धेन तौ पदार्थौ सम्बद्धौ इत्येतावदेव वक्तुं शक्नुमः. तत्र कः कस्मिन् अस्ति इति वृत्तिनियामकत्वं न आगच्छति. इति अपरः अपरं मतम् अस्ति. हा, परन्तु अस्माकं मुख्यविचारः अस्ति यत् अत्र विषयतासम्बन्धेन अपि ज्ञानम् आत्मनि वर्तते, न केवलं समवायसम्बन्धेन. यतोहि आत्मा स्वयं ज्ञानस्य विषयः भवितुम् अर्हति खलु. मनसा आत्मविषयकं ज्ञानमपि गृह्यते इति कृत्वा तादृशप्रयोगः अपि सिद्ध्यति इति वक्तुम् इच्छति.
मनसा अपि आत्मज्ञानं वर्तते. तत्
भगिनि न श्रूयते भगिनि, सरला भगिनि, सरला भगिनि न श्रूयते. सरला भगिनि अस्ति वा? अधुना किञ्चित् श्रूयते. किं कृतवती? स्पीकर् फोन् इति किमपि अस्ति? अस्तु भगिनि, हा श्रूयते इदानीम्. अस्तु भगिनि, तर्हि अग्रे पठतु, अग्रिम पृष्ठे, पञ्चषष्टितमे पृष्ठे प्रकृतम् आत्मलक्षणम् अनुसरामः इति अस्ति तत्र. सरला भगिनि, अस्तु प्रायः. सावित्री भगिनि अस्ति वा?
आं भगिनि, पठामि वा? प्रकृतमात्मलक्षणमनुसरामः ज्ञाननिष्ठासमवायसम्बन्धावच्छिन्नाधेयता निरूपित अधिकरणता एव प्रकृतलक्षणे प्रविष्टा, न तु किमपि ध्वनिः श्रूयते.
आम् कुतः? अस्तु
एव प्रकृतलक्षणे प्रविष्टा, न तु कालिकादिसम्बन्धावच्छिन्नाधेयता निरूपिता अधिकरणता अपि इत्येतद्बोधनाय अन्नं भट्टैः ज्ञानादिकरणम् इत्युक्तम्. अन्यथा कालिकसम्बन्धावच्छिन्न ज्ञाननिष्ठाधेयता निरूपित अधिकरणताश्रय कालमादाय लक्षणे अतिव्याप्तिदोषः प्रसज्येत. अतः उक्तविवक्षा आवश्यकी इति ध्येयम्. अत्र पुनः एवमेव लिखितमस्ति, किमर्थं ज्ञानादिकरणम् आत्मा इति लक्षणवाक्यम् अस्ति, किमर्थं भिन्नभिन्न सम्बन्धावच्छिन्न अधिकरणम् अस्ति इति न वदामः इति संक्षेपरूपेण दत्तमस्ति. किमर्थं चेत् अतिव्याप्तिदोषः भवति, कालिकसम्बन्धावच्छिन्न ज्ञाननिष्ठा अधेयता निरूपिता अधिकरणताश्रयः कालमादाय लक्षणे अतिव्याप्तिदोषः प्रसज्येत. अत्र कालिकसम्बन्धेन महाकाले वर्तते, परन्तु आत्मनि समवायसम्बन्धेन ज्ञानम् आत्मनि एव वर्तते, तस्य निरूपणाय ज्ञानाधिकरणम् आत्मा इति उक्तम् इति वा?
इति ते वदन्ति. ज्ञाने आधेयताः भिन्नाः भिन्नाः भवन्ति खलु?
आम् सत्यं, ज्ञाने बहवः आधेयता, तिस्रः आधेयता इति दृष्टवन्तः इदानीं. परन्तु एकमेव आधेयता आत्मनि भवति, ज्ञाने भवति, समवायसम्बन्धेन
अवच्छिन्न
आत्मनि, ज्ञानं समवायसम्बन्धेन आत्मनि एव भवति
हा इति वक्तुम् इच्छन्ति ज्ञानादिकरणम् आत्मा इत्यस्य माध्यमेन. अस्तु, इति अस्ति आत्मनः विषयः. इतः अग्रे गत्वा ईश्वरस्य साधनम् अपि च जीवात्मनः साधनम् इति विषयः आगच्छति. सूचीकटाः न्यायः इति अग्रिमभागः अस्ति, तत्तु वयं जानीमः एव. कोऽपि लोहकारस्य पार्श्वे गत्वा सूचीं निर्मातु, कटाहमपि निर्मातु इति चेत् सूचीनिर्माणम् अल्पायाससाध्यः, इत्युक्ते अनायासेन सूचीं निर्मातुं शक्यते इति कृत्वा प्रथमं सूचीं निर्माति, तदनन्तरं कटाहं निर्माति. तद्वदेव तस्य यः तर्कः अस्ति, तद्वदेव अत्रापि ईश्वरः इत्यस्य साधनं सुकरम्, इतोपि किञ्चित् सुलभम् इति कृत्वा ईश्वरस्य साधकम् अनुमानम् अत्र प्रथमतया प्रस्तुतः अस्ति, तदनन्तरं जीवात्मनः विषयः आगच्छति इति ते वक्तुम् इच्छन्ति. अस्तु, इतः अग्रे गत्वा ईश्वरसाधकम् अनुमानम् इति अस्ति, तर्हि ईश्वरस्य साधनं कथं कुर्वन्ति इति अग्रे परिशीलयिष्यामः. सावित्री भगिनी, भवती एव पठतु.
अस्तु, ईश्वरसाधनसाधक अनुमानं यथा आकाशनिरूपणावसरे श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति, तस्य आश्रयत्वेन आकाशः कल्पितः, यथा वा वायुनिरूपणावसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति, तदाश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं, तद्वत् ईश्वरानुमानाय प्रसिद्धः ज्ञायमानः न कोऽपि गुणः वर्तते. यम् आदाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत. अतः अत्रत्या रीतिः अस्ति अन्यादृशी. ओ अस्तु, अत्र आकाशनिरूपणावसरे वयं चिन्तित दृष्टवन्तः यत् शब्दात्मकगुणः इति, शब्दः तु आश्रयेन विना न तिष्ठति स्वयं, तदर्थं तत्र किमपि आश्रयः भवेत् एव, तदस्ति आकाशः इति. तथैव वायुनिरूपणावसरे अपि किञ्चित् विजातीयस्पर्शः जायते एव, तस्य कोऽपि आश्रयः भवेत् एव, तदेव वायुः इति दृष्टवन्तः. अत्र ईश्वरस्य ज्ञानार्थम् अथवा ईश्वरस्य साधनार्थं किमपि अतिरिक्तगुणः अथवा किमपि अतिरिक्तगुणः न वर्तते, यस्य स्वीकारेण तदाश्रयः ईश्वरः इति साधनं कर्तुं शक्नुमः. अतः अत्र किञ्चित् रीतिः भिन्नः अस्ति इति लिखितमस्ति.
हा, परन्तु अस्माभिः पूर्वं दृष्टमासीत् खलु भगिनि, यद् मनः इति इन्द्रियं कथं सिद्ध्यति, सुखं वा दुःखं वा अनुभवामः, तत्र तस्य ग्रहणं कथं वा स्यात् इति चिन्तयित्वा मनः इति साधितं. तर्हि तत्र सुखदुःखम् इत्यादयः गुणाः कुत्र वर्तन्ते?
आत्मनि वर्तते, परन्तु मनसः एव ग्रहीतुं शक्यते.
हा, ग्रहीतुं शक्यते इति सत्यं, किन्तु अधुना भवत्या उक्तं यद् ईश्वरे तादृश, ईश्वरः इत्युक्ते आत्मा, तस्मिन् तादृशगुणाः न सन्ति येन अनुमानं कर्तुं शक्नुयाम खलु. हा, इति उक्तं. तर्हि अत्र एवमेव वक्तुम् इष्टवती यत् सुखदुःखादयः जीवात्मनि भवन्ति, न तु परमात्मनि इति आशयः. तदर्थमेव अत्र उक्तं न कोऽपि गुणः वर्तते येन ईश्वरस्य अनुमानं साधयितुं शक्नुयाम, अथ किञ्चित् विशिष्टरीत्या चिन्तनीयं भवति.
ईश्वरः इति परमात्मा, आत्मा इति जीवात्मा इति खलु.
सत्यं
द्विविध आत्मा तु द्विविध ईश्वर परमात्मा अपि च जीवात्मा अधः अस्ति
सत्यं सत्यं ज्ञानाधिकरणम् आत्मा इति यदा वदामः तत्र ज्ञानस्य अधिकरणम् ईश्वरः अपि परमात्मा अपि परन्तु अस्माभिः अनुभूयमानाः ज्ञानानि अथवा सुखदुःखादयः इति गुणाः तु जीवात्मनि वर्तन्ते मनः तदेव गृह्णाति इति कृत्वा ईश्वरसाधकं नाम परमात्मनः साधकम् अनुमानं किञ्चित् भिन्नरीत्या भवति अत्रत्य रीतिः अन्यादृशी इति उक्तम् अत्र उदाहरणं किमपि चिन्तनमस्ति वा कस्यचित् अत्र
भगिनि प्रश्नः अस्ति अत्र न्यायशास्त्रस्य मतेन जीवात्मनः परमात्मनः तत्र परस्परभेदः अस्ति किल एकं नास्ति इत्येव अस्ति किल
इति दृश्यते भगिनि
अस्तु अस्तु भगिनि
अन्ये किं चिन्तयन्ति शुकमनमहोदय इति खलु वेदान्तविषये तथा न स्यात् अत्र भगिन्याः प्रश्नः आसीत् नैयायिकाः जीवात्मा भिन्नः परमात्मा भिन्नः इत्येव वदन्ति खलु इति भगिनी पृष्टवती
आम् तेषां मते तादृशमस्ति किन्तु वेदान्ते जीवात्मा परमात्मा एव
आध्यात्मिकरीत्या भिन्नः इति अस्ति इति भाति अस्तु तर्हि ईश्वरम् ईश्वर
उपाधिना एव तेषां भेदः इति यदा वयं कालस्य भेदः उपाधिना साध्यते तादृशम् उपाधिना जीवात्मनः परमात्मनः भेदः अस्ति किन्तु वास्तव्यरीत्या तेषां भेदः नास्ति इति वेदान्तमते अस्ति
वेदान्ते
निरूपणसमये तत्र आत्मा इति यद् एकमेव द्रव्यं तत्रैव परमात्मा जीवात्मद्वयमपि अन्तर्भवति इत्यपि अस्ति किल न्यायशास्त्रे तर्हि तत्र
सत्यं सत्यं भगिनि अत्र पृथिव्याः अपि शरीरेन्द्रियविषयभेदाः वर्तन्ते खलु सः सा द्विविधा इति उक्त्वा अथवा सा त्रिविधा इति उक्त्वा कथितवन्तः तद्वदेव इति अहं चिन्तयामि यतोहि लक्षणवाक्यं पठति चेत् ज्ञानादिकरणमात्मा सः द्विविधः जीवात्मा परमात्मा इति अन्यत्रापि पश्यामश्चेत् तत्र तत्रापि पृथिव्याः लक्षणवाक्यं स्वीकरोतु सा द्विविधा नित्या नित्या च पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् तर्हि तत्रापि पृथ्वी इत्युक्ते शरीरं विषयः पार्थिव इन्द्रियं सर्वम् अन्तर्भूतं तद्वदेव इति भाति अत्र
परन्तु अत्र आत्मनः विषये तु तत्र नित्यम् अनित्यं तादृशं नास्ति किल केवलं जीवात्मा इत्येव भेदः नित्यत्वविषये तु किं
तत्र वैमत्यं नास्ति नित्यमेव
नित्यमेव
उभयोः नित्यत्वम्
उभयोः नित्यत्वम् एव अस्ति अस्तु भगिनि धन्यवादः
किन्तु तत्र भेदः अस्ति ईश्वरः सर्वज्ञः जीवः तथा नास्ति इति अग्रे पश्येम किं किम् अस्ति इति अस्तु तर्हि इदानीं सावित्री भगिनी पठितवती तादृशसुखदुःखादयः विशेषगुणाः नास्ति अस्तु ईश्वरे अथवा परमात्मनि न अनुभवामः मनसा यद्गृह्यते तत्सर्वं जीवात्मनि तर्हि भिन्नरीत्या अनुमानं कर्तव्यं कथं कुर्मः इत्यत्र उदाहरणं दीयते यत् कुलालः नास्ति चेत् दण्डचक्रादीनां सत्त्वे अपि घटः न निर्मितः भवति तद्वदेव अस्माकं लोके बहु किमपि अस्ति कः निर्मितवान् इति उत्तरं न प्राप्नुमः खलु इत्युक्ते परमाणुतः द्वयुणुकादि परम्परामनुसृत्य पृथिवीगोलः महज्जलं पर्वताः वृक्षाः अस्तु वृक्षं वयम् आरोपयामः बीजात् इति जानीमः किन्तु प्रथमतया बीजः अथवा अङ्कुरः कुतः आगतः न कोऽपि वक्तुं शक्यते खलु तदर्थमेव कश्चन चेतनः भवतु ईश्वरः नाम्ना सचेतनः अस्ति येन एतत् सर्वं निर्मितम् इति अनुमानं कृत्वा ईश्वरः अस्ति इति ते वदन्ति अस्तु पुनः एषः ईश्वरः सर्वज्ञः इति अपि वदन्ति तत्र लक्षणवाक्ये अपि सर्वज्ञः परमात्मा एक एव इति वदन्ति. किमर्थं वदन्ति इति अग्रिम परिच्छेदः अन्तिमपरिच्छेदः अस्ति. सरला भगिनी पठति वा भगिनी अस्ति चेत्?
आम् तस्य अल्पज्ञात्वे तस्य अल्पज्ञात्वे कुलालाभिधय व्याकरणं न स्यात् इति सर्वज्ञ. आकाशनिरूपणे उत्तरीत्या अनुमाने यः पदार्थ सिद्ध्यति तस्य बहुत्र साधकयुक्ति यदि नास्ति तदा तस्य एकत्वे लाघवम् इति तस्य एकत्वमपि सिद्ध्यति. अस्माभिः तस्य ईदृशविलक्षणत्वं वक्तुं परमात्मा इत्युक्तं परः उत्कृष्टः ज्ञाने सा स्थितीनां नित्यात्वात् सुखदुःखादीनां परमात्मनि असत्वात् बोध्यः. यदि वयं पूर्वं दृष्टवन्तः कुलाला यदि नास्ति तत् घटस्य निर्माणं न भवति. तथैव ईश्वर सर्वज्ञ अस्ति तस्य विद्यमान ईश्वरस्य वर्तत यदि ईश्वर वर्तते तदैव सृष्टिनिर्माणस्य किमपि वयं पश्यामः वर्तते. आकाशनिरूपण उत्तरीत्या अनुमानेन
इत्युक्ते ईश्वरः सर्वज्ञः कुलालादिभ्यः अस्मदादिभ्यः विलक्षणः कुतः इत्युक्ते सर्वज्ञः खलु.
आं सर्वज्ञाता
कुलालः सर्वं न जानाति अथवा मनुष्याः किन्तु ईश्वरः तथा नास्ति इति ते वदन्ति. अस्तु अग्रे.
आकाशनिरूपणे उत्तरीत्या अनुमानीय पदार्थ सिद्ध्यति तस्य बहुत्र साधयुक्तिः यदा वयं शब्दं शृणुमः तस्य आधार आकाश अस्ति तस् अनुमानेन वयं सिद्ध्यामः. यदि नास्ति तदा तस्य एकत्वम् इति तस्य एकत्वमपि सिद्ध्यति. यदि वयं आकाशे एकम् अस्ति विभु अस्ति तस्य कारणे आकाशज्ञानं लाघवम् अस्ति एकत्व ज्ञानस्य कारणे. अस्तु भगिनि.
हा अत्र आकाशः भिन्नभिन्नः इति वक्तुं कापि युक्तिः नास्ति इत्युक्ते बहुत्वसाधकयुक्तिः नास्ति इति कृत्वा आकाशः एकः एव इति लाघवार्थं यथा मन्यामहे तद्वद् अत्रापि ईश्वरसाधनानुमाने बहुत्वसाधकयुक्तिः नास्ति यतोहि प्रथमतया अनुमानेन जातः इति ईश्वरः. तर्हि अनुमानेन कथं जातः इत्युक्ते विश्वे अस्माकं शक्तेः बहिः बहुकिमपि निर्मितम् अस्ति तस्य निर्माता एकः एव वा अनेकाः वा इति न वक्तुं शक्नुमः इति कृत्वा एकत्वं स्वीक्रियते ईश्वरस्य अनेन लाघवम् इति उच्यते. समीचीनम्.
नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्वात् भोज्य उत्कर्ष अहं न जानामि उत्कर्ष किं भगिनि.
उत्कर्षश्च ज्ञाने च कृतीनां नित्यत्वात् सः परः उत्कृष्टः इति उक्तं पूर्वस्मिन् खलु. यः कोऽपि परमात्मा इति उच्यते सः परः उत्कृष्टः इत्युक्ते उत्तमः उन्नतः तथा तादृशः यः उत्कृष्टः अस्ति परमात्मा तस्मिन् ज्ञाने च ज्ञानम् इच्छा अपि च कृतीनां नित्यत्वम् अस्ति. अस्तु अस्मदादिषु तथा नास्ति. अस्माकं ज्ञानस्य इच्छायाः कृतीनां च सीमा अस्ति सर्वदा. ज्ञानमपि क्षणिकम् अस्ति खलु, इच्छा अपि तथा सर्वदा न भवति, ईश्वरस्य तथा नास्ति, ज्ञाने च कृतयः नित्याः ईश्वरस्य, तस्मिन् सुखदुःखादीनां सत्त्वम् अपि न वक्तुं शक्नुमः। एतत् सर्वं दृष्ट्वा परमात्मः परः उत्कृष्टः, अस्मदादिभ्यः विलक्षणः इति उच्यते।
भगिनी, तत्र मम चिन्तनं किञ्चित् अस्ति, यदा ज्ञानेच्छकृतीनां नित्यत्वात् इति, ज्ञानेच्छक्रिया नित्यम् ईश्वरे इति वयं वदामश्चेत् प्रलयः जगतः प्रलयः न भवितुमर्हति, तस्य जन्यमपि न भवितुमर्हति किल?
हा, अत्र तस्मिन् विषये अपि एकं करपत्रम् अद्य प्रेषयिष्यामि, पठन्तु। किन्तु एवमेव वदामि, तत्र अन्यत् किमपि चिन्तनमस्ति वा कस्यचित्?
अवगतः भगिनि,
प्रश्न चिन्तनं किं न अवगतं महोदय, पुनरेकवारं कृपया वदतु।
अस्तु, वदतु शुकवन महोदय, कृपया।
अत्र दत्तमस्ति उत्कर्षस्य ज्ञान इच्छा कृतीनां नित्यत्वात् ईश्वरः उत्कृष्टः परमः इति, अन्यानाम् आत्मनाम् आत्मानाम् अपेक्षया। किन्तु यस्य ज्ञान इच्छकृतिः नित्यः भवति, यदा ज्ञान इच्छकृतिः नित्यः भवति तदा जगतः प्रलयः कदापि न भवति, अपि च तस्य जन्यमपि इतः आरब्धम् इति अपि न वक्तुं शक्नुमः।
हा, सत्यं सत्यम् इति न वक्तुं शक्नुमः। अस्तु, भवता प्रश्नं नित्यम् अस्ति चेत् जन्यम् इति कथं वक्तुं शक्यते? सर्वदा
जन्यं प्रलयं द्वयमपि न वक्तुं नार्हम्।
परन्तु महोदय, प्रलयः तु ईश्वरस्य प्रलयः न भवति,
तस्य ईश्वरे ज्ञानेच्छाकृति नित्यं भवेत् चेत् जगतस्य जगतः उत्पत्तिः।
महोदय, भवतः कुत्र आरब्धम् इति एकः प्रश्नः, अपरः प्रश्नः अपि आगतः आसीत् वर्गे अस्माकं, कृतिः इत्युक्ते प्रयत्नः, तादृश अस्तु, कृतिः इति नित्यः चेत् सर्वदा किमपि जायमानमेव भवति खलु इति।
आम्, इत्युक्ते प्रलयः अपि न भवति,
प्रलयः इत्युक्ते सर्व अस्तु पूर्णतया विनाशः न भवति, किमपि जायमानमेव भवति सर्वदा इति भवतः आशयः। तत्र उच्यते यद् तथा, हा, प्रलयः इति सम्पूर्णतया डिस्ट्रक्षन् भवति न वा इति न जाने, परन्तु किमर्थं सर्वदा किमपि न जायते नाम इत्युक्ते बीजम् अस्ति, बीजात् अङ्कुरः भवति, अङ्कुर सस्यं भवति, तर्हि तस्य कृतिः सर्वदा भवति चेत् प्रत्येकस्मिन् दिने कश्चन सस्यं किमर्थं न उत्पद्यते, प्रत्येकस्मिन् दिने किमपि न भवति किमर्थम् इति? तत्र उच्यते यत् कस्यचित् जननस्य केवलम् ईश्वरः इति कारणं न, परन्तु तत्र कालः अपि च कालः, अदृष्टः, अदृष्टः इत्युक्ते यथा भगिन्या उक्तं, तत्र तत् सस्यं भवति चेत् तस्य सस्यस्य भोक्ता कश्चन स्यात् भोगं।
किन्तु तत् मम प्रश्नात् भिन्नः, तत् भिन्नविषयः
इत्युक्ते
मम चिन्तनम् अस्ति यत् यथा राजेन्द्रमहोदयेन उक्तं, प्रलयः अपि च जगतः सृष्टिः द्वयोः बहिः अस्ति परमात्मा।
आम्, तथैव,
हा, इति तु इति अपि अस्ति, इति अपि अस्ति, परन्तु
तत् सत्यपि जगतः यदा ईश्वरे नित्यकृतिः भवति,
नित्यकृतिः भवति चेत् किमपि
जगतः जगतः उत्पत्तिः इतः परम् आसीत्, जगतः प्रलयः यदा इदानीं भवति इति न वक्तुं शक्नुमः। इत्युक्ते
महोदय, प्रलयः, महोदय, भवतः विवक्षानुगुणं प्रलयः इत्युक्ते किं? सर्वनाशः इति वा?
सर्वनाशः, आम्, सर्वोत्पत्तिः इत्युक्ते जन्यम् इत्युक्ते सर्व उत्पत्तिः, प्रलयः इत्युक्ते सर्वनाशः.
परन्तु महोदय, प्रलय जगतः तु ईश्वरः तु नित्य नित्यम् अस्ति. प्रलय भवतु अनन्तरं भवतु.
महोदय महोदय महोदय, भवान् एकं वदति, महोदय भवान् किं वदति इत्युक्ते ईश्वरः नित्यः, ईश्वरस्य नाशः न भवति इति सत्यं राजेन्द्रमहोदय. तत् सत्यमेव, तत् सर्वैः अङ्गीक्रियते. शुकवन महोदय वदति यत् प्रलयः अथवा सर्वनाशः इति न भवति एव, खलु? यतोहि सर्व सः कृतिमान् अस्ति. कृतिः इत्युक्ते प्रयत्नः भगिनि. अस्तु,
अग्रिमविषयः.
एकनिमिषः, हा सावित्रि भगिनि,
भवती उक्तवती खलु कृति इत्युक्ते सर्वदा कार्यं भवतु, सर्वदा बीजस्य अङ्कुरः भवतु, अङ्कुरस्य वृक्षः भवतु, तथा नास्ति. कालक्रमेण यथा अदृष्टम् अस्ति, अन्यानि कारणानि अपि सन्ति, तत् समग्रदृष्ट्या पश्यामः चेत् तत्र कापि क्लेशः नास्ति.
अस्तु, तर्हि तदुत्तरं यद् अहं दत्तवती तद् अस्य प्रश्नस्य आसीत्. अस्तु, किमर्थं तर्हि सर्वदा किमपि न जायमानं भवति विश्वे? नाम एकं सस्यं प्रत्येकं दिनं न भवति, तादृशप्रश्नस्य मम उत्तरम् आसीत्.
शुभवनमहोदयम् अत्रापि भवतु खलु.
अस्तु, शुकवनमहोदय पृच्छति यद् अस्तु सर्वनाशः इति न भवति एव वा इति. तर्हि सः सर्वदा कृतिमान् भवति चेत्
कः भगिनि? ईश्वरः,
ईश्वरः कृतिमान् नाम किमपि प्रयत्नं कुर्वन् एव भवति.
कथं वक्तुं शक्नुमः ईश्वरः कृतिमान् भवति? कोऽपि प्रमाणम् अस्ति वा तादृशे?
इति नैयायिकानां मतम्. ज्ञाने च कृतीनां नित्यत्वम् अस्ति ईश्वरे इति नैयायिका.
इत्युक्ते सर्वदा इति नास्ति भगिनि, यत्र आवश्यकं तत्रैव.
अस्तु भगिनि, अस्य अर्थम् अस्तु तत्रैव इति सत्यं. सामग्री सर्वाः सामग्र्यः भवन्ति चेदेव कार्यम् उत्पद्यते इति सत्यम्. अस्तु, परन्तु नित्यत्वम् इत्यनेन किं सूचितम्? नित्यत्वम् इत्यनेन कृतिः न नश्यति इति सूचितं, खलु? ईश्वरस्य कृतिः नित्या इति वदामश्चेत् तस्य अर्थः कः?
तत्र प्रयत्नः
एव,
न तु यद् क्रियते तेन प्रयत्नेन तद् नित्यम् इति न उक्तं कुत्रापि.
कार्यं नित्यं नास्ति, कृतिः एव खलु, प्रयत्नमेव.
कृतिः नित्यं, कार्यं नित्यं नास्ति इति भवती वदति.
आम्,
हा, तर्हि प्रयत्नः तु संध्या भगिनी अपि तदेव वदति खलु. तर्हि कार्याभावे कृतिः तु भवति, परन्तु कार्याभावे प्रायः प्रलयः इति वक्तुं शक्नुमः इति भवत्योः मतम् इति वा?
अत्र नियमः नास्ति भगिनि. नित्यत्वात् इत्युक्ते मम चिन्तनम् अस्ति, नित्यत्वात् इत्युक्ते प्रतिक्षणम् इति भवतु इति न,
इति न, परन्तु नित्यत्वात् नित्यत्वम् इत्युक्ते कृतिः न नश्यति, कृतिः सर्वदा भवति इति वार्ता.
भवतु नाम किमपि न उत्पद्यते, सामग्री नास्ति चेत् प्रयत्नः भवतु, अल्पप्रयत्नः भवतु, अथवा युनो किमपि भवतु. मम चिन्तनम् अस्ति अत्र किमपि नियमः नास्ति. कृतीनां नित्यत्वात् इत्युक्ते परमात्मनि ज्ञान इच्छा कृति सर्वदा भवति, तस्य शक्तिः अस्ति तेषां कृते, परन्तु प्रतिक्षणम् इति किमपि उत्पद्यते इति नास्ति.
सत्यं सत्यं इति चेत् प्रलयः इति किं यदि यद् महोदय पृष्टवान्, यदा किमपि कार्यं न जायते एव तदेव प्रलयः इति वदामः वा इति प्रायः?
प्रायः कार्यं तु नित्यं नास्ति खलु, कार्यस्य जन्यमपि अस्ति, नाशः अपि अस्ति. तदर्थं ये जगति ये सामग्र्यः सन्ति, कार्याणि सन्ति, वस्तूनि सन्ति, तेषां नाशः भवति एव, तदेव प्रलयः.
प्रलयः, हा, अस्तु,
इत्युक्तमेव एकं कार्यमेव किल, तत्र कृतिः एव, कृतिषु एव अन्तर्भवति प्रलयः अपि. तत्र अस्माभिः प्रायः कृतिः अनन्तरं यत् कृतं कार्यं तत्र किञ्चित् भ्रमः न कर्तव्यः. कृतिः इत्युक्ते अत्र अस्मिन् सन्दर्भे प्रयत्नः इत्येव. तत्तु नित्यमेव प्रचलति. तेन प्रयत्नेन किं कार्यम् उद्भवति इति भिन्नभिन्नसमयेषु भिन्नम् अस्ति. तत्र कारणानि पुनः यथा भवती उक्तवती अदृष्टम् अपि च अन्यत् किमपि यत्किमपि अस्ति तदपि आगच्छति तत्र. अतः प्रलयः अपि सर्वदा न भवति. कृतिषु वा कार्येषु एकं कार्यम् इति मम चिन्तनम्.
ओ अस्तु अस्तु, तर्हि प्रलयः
तु एकदृशी कार्यमेव अस्ति. कथं वदामः कार्य अभावात् प्रलयः भवति? प्रलयः अपि कार्यमेव.
सर्वनाशः प्रलयः इति वस्तुतः न आगतः विषयः, किन्तु सर्वनाशः प्रलयः
कार्यमेव.
ईश्वरस्य कार्यमेव भवति इति खलु. अस्तु,
एव सर्वं करोति.
अस्तु तर्हि, हा सम्यक्. तर्हि ज्ञाने च कृतयः नित्याः, परन्तु कृतितः यद् कार्यम् उत्पद्यते तद् सर्वदा भवतु इति नास्ति इति तस्मिन् सर्वेषाम् अङ्गीकारः अस्ति वा? अस्तु, हा समीचीनं. तर्हि किञ्चित् अग्रे सरेम. अत्र ज्ञाने च कृतयः इति अग्रिमविषयः, बहु किमपि तस्य विषये चर्चितवन्तः. तर्हि स्थूलरीत्या एव वदामि. ज्ञानम् इत्युक्ते वयं जानीमः अयं घटः अयं पटः इत्यादिकम्. इच्छा इत्युक्ते अयं पटः अथवा अयं घटः मम भवतु, तादृश गुणः. पुनः कृतिः इत्युक्ते इच्छायाः अनन्तरं यः प्रयत्नः क्रियते तद्वस्तु प्राप्तुं, तदेव प्रयत्नः इति उच्यते. अस्तु, इदं मम भवतु इत्यस्य वदनेन पर्याप्तं न. तस्य क्रयणार्थं किमपि प्रयत्नः, कोऽपि प्रयत्नः करणीयः. प्रयत्नानन्तरं क्रिया अपि जायते, इत्युक्ते शरीरे क्रिया जायते. तत्र गच्छामः, क्रीणीमः, तादृशक्रियाः अपि जायते. ज्ञाने च कृति इति क्रमः अस्ति जीवात्मनः, परन्तु परमात्मनः तथा नास्ति. ज्ञाने च कृतयः नित्याः इति उच्यते. अस्तु, तर्हि इतः अग्रे चेष्टा अपि च स्पन्दः इति विषयद्वयमस्ति. चेष्टा अपि च स्पन्दः. चेष्टा इत्युक्ते ज्ञानम्, इच्छा, कृति, तदनन्तरं या क्रिया उत्पद्यते सा एव चेष्टा. परन्तु स्पन्दः, स्पन्दः इति तादृशी क्रिया अस्ति या एवमेव जायते, उद्देशः नास्ति तत्र. तत्र उदाहरणमस्ति यद् वायौ हस्तं नयामश्चेत्, गगने हस्तं स्थापयामश्चेत् वायुतः कम्पनं जायते खलु हस्ते, तादृशस्पन्दः, तादृशक्रिया एव स्पन्दः इति वदन्ति. चेष्टा इत्युक्ते ज्ञानम्, इच्छा अपि च कृति इत्यस्मात् आरभ्य जाता इति वदन्ति. अस्तु, इतः अग्रे सविषयकपदार्थानां वर्णनमस्ति. सविषयकपदार्थाः के के इत्युक्ते ज्ञानम्, इच्छा, कृतिः, द्वेषः, भावनाख्यसंस्कारः इति वदन्ति. एते सविषयकपदार्थाः. अस्तु, तत् इतः अग्रे किञ्चित् पठेम. पुष्पा भगिनी, तत्र तस्मिन् पृष्ठे अन्तिमभागं पठति वा, प्रकृतम् अनुसरामः इति.
अस्तु भगिनि, प्रकृतम् अनुसरामः. पूर्वोक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्यपृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम्. इच्छा, कृतिः इति
एतत् त्रितयम्
आवश्यकम्. अतः ईश्वरेपि तत् स्वीक्रियते, परन्तु न तत् अस्मदीयज्ञानादिवत् अनित्यं, किन्तु नित्यं, किन्तु नित्यम् अनित्यते, अनित्यत्वे अनन्तानि नानानि स्वीकर्तव्यानि भवेयुः, तथा च सिद्धः ईश्वरः तस्य नित्यज्ञानेच्छा विषयेस्मिन् नैयायिकै बहु पराक्रान्तम् उद्ग्रन्थे विशेष जिज्ञासुभिः द्रष्टव्यम्. तत्तु
समयाभावे अहमेव किञ्चित् तत्र सारांशत्वेन वदामि. इति अस्माभिः दृष्टमेव, ज्ञाने च कृतयः आवश्यकमेव. ईश्वरस्य तु अस्मदादि ज्ञानवत् अनित्यं नास्ति. अस्तु, सुखदुःख इच्छा इत्यादय, क्षम्यताम्, तत्र किं, हा, ज्ञाने च कृतयः नित्याः, अपि च लाघवार्थम् अत्र ईश्वरस्य एकमेव ज्ञानम् इति स्वीक्रियते. अस्तु, इत्युक्ते ईश्वरः बहु किमपि निर्माति अस्माकं विश्वे इति कृत्वा तत्र बहु ज्ञानानि अनन्तानि इति न वदामः. लाघवार्थं समुच्चयात्मकं ज्ञानं, सर्वं ज्ञानं मिलित्वा अथवा सर्वविषयात्मकं ज्ञानम् ईश्वरस्य भवति इति स्वीक्रियते. इत्येव विषयः अत्र. अग्रे अस्ति जीवात्मनिरूपणम्, अग्रिमभागं पठित्वा समापयामः. तत्र वर्दिनी भगिनी पठितुम् इच्छति वा? परिच्छेदद्वयमपि पठतु.
ईश्वरं निरूप्य जीवमाह जीवस्त्वमिति जीवस्त्विति तु इति ईश्वरात् वैलक्षण्यज्ञापनाय इदं च बहुविधं प्रसिद्धं, यथा ईश्वरः एक एव, जीवाः शरीरभेदेन भिन्नाः, शरीराणि अनन्तानि इति, जीवा अपि अनन्ताः, ईश्वरः सर्वविषयकज्ञानवान्, सर्वविषयक इच्छावान्, सर्वकार्यविषयककृतिमान्. जीवस्तु किञ्चित् जानाति, किञ्चिदेव इच्छति, कृतिरपि तस्य तत्तत् कार्यविशेषविषयिणी एव भवति. तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं, तस्य भोगाय किल शरीरं, तच्च एकैकस्य विभिन्नसुखदुःखादि अनुरोधात् भिन्नं. यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम्. एक एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्? अतः जीवात्मनः अनन्ताः, तन्नानात्वमुक्त्वा परिमाणमाह विभुरीति.
अत्र जीवात्मनिरूपणं क्रियते तैः. अत्र उच्यते यत् जीवः इति यदस्ति सः सर्वविषयकज्ञानवान् नास्ति, सर्वविषयक इच्छावान् अपि नास्ति, सर्वविषयककृतिमान् अपि नास्ति. यतोहि वास्तविक अनुभवः कः? अहं किमपि जानामि, भवती अन्यत् किमपि जानाति, तथा अस्ति खलु. जीवः किञ्चिदेव जानाति, यद्यपि जीवः अपि विभुः, परमात्मवत् जीवात्मा अपि विभुः, सर्वव्यापिः अस्ति, तथापि यदा जीवात्मनः संयोगः स्वशरीरेण सह जायते तदा एव ज्ञानम् उत्पद्यते जीवात्मनि. अस्तु इति वार्ता. तदर्थमेव किञ्चिदेव जानाति कश्चन न अन्य अत्रापि उक्तं खलु इति अस्ति. तदर्थमेव
शरीरभेदेन जीवस्य भेदः अङ्गीकार्य
सत्यं
पूर्वजन्मसु.
यद्यपि विभुः अस्ति जीवात्मा, तथापि शरीरभेदेन भिन्नभिन्नाः जीवात्मानः अनन्ताः भवन्ति. यतोहि शरीराणि अनन्तानि, जीवात्मानः अपि अनन्ताः. परन्तु विभुः इति उच्यते, विभुः इति परिमाणस्य विषयः. अस्तु, मनसि भवेत्. विभुः इति उच्यते, विभुः इत्युक्ते तस्य परममहत् परिमाणं भवतु इति वार्ता. अस्तु, तर्हि किमर्थम् अणुपरिमाणम् अथवा मध्यमपरिमाणं न स्वीक्रियते इति अग्रिमविषयः अस्ति. तर्हि वयं जानीमः मध्यमपरिमाणं कुत्र कुत्र भवति इति जानीमः, जन्यानामेव भवति इति. हा, इत्यादीनां भवति. हा, सत्यं सत्यं. जीवः विभुः अस्ति, सर्वत्र अस्ति. अस्तु, पृथ्वी, जलं, तेजः, वायुः, मनः, एते सर्वत्र नास्ति. क्रिया जायते तेषु, तदा अपरत्र गच्छति. कन्दुकः, कन्दुकम् इति एकं पदार्थः, एकः पार्थिवपदार्थः, तस्मिन् क्रिया जायते चेत् कन्दुकः अपरत्र गच्छति, नो चेत् न. जलमपि तथा, मनः अपि तथा. तर्हि जीवात्मनः कीदृशी स्थितिः अस्ति इति वार्ता अग्रे अस्ति. विभुः अस्ति, सर्वदा अस्ति इति कृत्वा तस्मिन् क्रिया नास्ति खलु. विभुः अस्ति, परन्तु तस्य मध्यमपरिमाणं स्वीकुर्मश्चेत् तत्र कीदृशदोषः स्यात् इति अग्रिमविषयः. रामप्रिया भगिनी, तत्र अन्तिमपरिच्छेदं पठति वा?
आं भगिनि, अन्तिमम् एवमेव इति वा? एवमेव
न, तत्र अग्रिम जीवस्य अनित्यत्वे का क्षतिः इत्यत्र वयं दृष्टवन्तः. जीवस्य परममहत् परिमाणमेव विभुः, सर्वत्र अस्ति इति कृत्वा किमर्थं मध्यम
तस्य मध्यमपरिमाण परिमाणवत्वे सः अनित्यः स्यात्. यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम्. अतः जीवस्य मध्यमपरिमाणे सोऽपि विनाशी स्यात्. अस्तु तथा, किं तेन तथा सति पूर्वजन्मनि यत् पापं पुण्यं वा तेन साधितं तस्य जीवरूप आश्रय नाशे नाशः स्यात् इति एको दोषः. अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं न उपलभ्यते लभ्येत. इमौ दोषौ एव कृतहान अकृताभ्यागमौ इति शास्त्रे व्यवह्रियते. कृतयोः पूर्वजन्मनि कृतयोः पापपुण्ययोः हानं नाशः. आश्रयरूपस्य जीवस्य नाशे तद्वतीनां सर्वेषां गुणानां नाशात् अकृतस्य अभ्यागमः. इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत. तत्त्वम् इदं सुविशदं मुक्तावल्यादिग्रन्थे चिन्तितं तत् एव अनुसन्धेयम्. भगिनी भवती एव वदतु
अत्र. अस्तु, पुनः पठन्तु, सुलभमेव अस्ति. तर्हि परममहत् परिमाणवान् जीवः सर्वदा जीवः सर्वत्र अस्ति इति विभुः इति जानीमः. तदर्थं तस्मिन् क्रिया अपि नास्ति. पृथिवी सर्वत्र नास्ति, क्रियातः अपरत्र गच्छति, संयोगः भवति तत्र तस्य. अस्तु, परन्तु एषः परममहत् परिमाणवान् जीवात्मा, तस्य मध्यमपरिमाणं स्वीकुर्मश्चेत् किं भवति? तदा सः अनित्यः भवति, पार्थिवपदार्थवत् विनाशी भवति. हा, विनाशी भवति चेत् तदा किं भवति इत्युक्ते तत्र पूर्वजन्मनि यत् पापं वा पुण्यं कृतं जीवात्मना तद् नश्यति. यदा जीवात्मनः मध्यमपरिमाणं भवति तदा जीवः नश्यति इति आगच्छति. तस्य सः तु पापपुण्यस्य आश्रयः अपि अस्ति. आश्रयः एव नश्यति चेत् पापपुण्यमपि नश्यति इति आगच्छति. तर्हि अपि च सुखं सः एव दोषः. सुखं दुःखं यद् अनुभवामः अस्मिन् जन्मनि तस्य कारणं न उपलभ्यते, कारणं न भवति तदा. इदमेव कृत अभ्यागमौ, कृतस्य हानिः. पूर्वजन्मनि यद् कृतं पापपुण्यं तस्य हानम् अथवा हानिः. अकृतस्य अभ्यागमः, अभ्यागमः इत्युक्ते प्राप्तिः. यद् दुःखं कथञ्चित् प्राप्नुमः विना कारणम्, अकृतं किमपि न कृतं, कर्म न जातः किन्तु किमपि प्राप्तं, तत् कथं वा समर्थयितुं शक्नुमः? तर्हि पूर्वजन्मनः कृतस्य च कृतस्य पापपुण्यस्य अनुवर्तनं भवतु अपरस्मिन् जन्मनि इति कृत्वा जीवः न नश्यति. अतः जीवस्य मध्यमपरिमाणं न भवति, तस्य परममहत् परिमाणम्. अन्तिमः विषयः अवशिष्यते, जीवात्मनः अणुपरिमाणं, परमाणुपरिमाणं किमर्थं न स्वीकार्यः इति. तस्य उत्तरमस्ति यत् सर्वशरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन्. नाम यदि सः जीवः शरीरस्य अणुः अस्ति चेत्, एकस्मिन् लघुभागे अस्ति चेत्, तत्र तदा तस्मिन् शरीरे यदा वेदना अपरत्र आगच्छति चेत् तदा सा वेदना अस्मिन् अणुपरिमाणवती जीवे न अनुभूयते खलु. इति कृत्वा तस्य अनुपरिमाणमपि न स्वीक्रियते. जीवः शरीरस्य सर्वभागे वर्तते, सः तु परममहत् परिमाणवान्, वस्तुतः अपरस्मिन् शरीरे अपि वर्तते. परन्तु जीवात्मनि ज्ञानं तदा जायते यदा स्वशरीरेण सह संयोगः भवति इति नैयायिकमतम्. अतः एव अत्र उक्तं पूर्वोक्तकृतहानाकृत अभ्यागमवारणाय इव जीवस्य नित्यत्वमपि स्वीकार्यं नित्यश्चेति इति ते वदन्ति. नित्यत्वात् तत्र नित्यत्वमपि अस्ति, अपि च मध्यमपरिमाणम् अणुपरिमाणमपि न स्वीकृतः इति कृत्वा जीवः विभुः अपि अस्ति इति अस्ति वार्ता. अत्र अन्यत् किमपि चिन्तनमस्ति वा कस्यचित्, अथवा कोऽपि प्रश्नः?
भगिनि, यदि समयः अस्ति चेत् निमिषद्वयं वयं पूर्वं चर्चितवन्तः
अहं तु भवामि चर्चयितुम्. अन्ये गन्तुम् इच्छति चेत् गच्छन्तु, चिन्ता नास्ति. समयः बहु रात्रिवेला जातः अत्र तदर्थमेव.
अस्तु,
धन्यवादः. अस्तु, शुभवनं महोदय.
ते किम् उक्तवन्तः, ज्ञान इच्छा कृतिस्तु शक्तिः एव. यस्य यदा ज्ञान इच्छा कृतिः नित्यं भवति तथापि कार्यं भवेत् इति नियमः किमपि न इति ते उक्तवन्तः किल.
सत्यम्.
अहं किं वदामि, अहं तु जीवात्मा, शुकवनम् इति एकः जीवात्मा. मम कृते घटस्य ज्ञानम् अस्ति, घटनिर्माणज्ञानमपि अस्ति, इच्छा अपि अस्ति, मम कृते कृतिः अपि अस्ति, किन्तु मृद् नास्ति इति चिन्तयामश्चेत् घटनिर्माणकार्यं न भवति. किन्तु ज्ञान इच्छा कृतिः मम कृते अपि नित्यमस्ति.
एकनिमिष इत्येव अत्र चर्चितं, जीवात्मनः ज्ञानेच्छा कृतयः नित्याः न सन्ति.
नो इति केन कारणेन वदन्ति, ज्ञानेच्छा कृतिः जीवस्य नित्यः नास्ति इति केन कारणेन सः वदन्ति?
हा, अस्तु, जीवात्मनः ज्ञानं, प्रथमतया जीवात्मनः ज्ञानं तदा जायते यदा जीवात्मनः शरीरेण सह संयोगः भवति, खलु? हा, इति तु अस्ति. अस्तु, तर्हि शरीरं नश्यति चेत् तद् शरीर अथवा जीवात्मसम्बद्धज्ञानं नश्यति.
किन्तु ज्ञानं तु आत्मनि समवायसम्बन्धेन अस्ति.
सत्यम्. एतेषां मतानुगुणम्
इत्युक्ते यावत्पर्यन्तम् आत्मा तिष्ठति तावत्पर्यन्तं ज्ञानगुणमपि तत्र तिष्ठति एव. तदेव समवायसम्बन्धस्य वैलक्षण्यं किल.
सत्यं महोदय, करपत्रे एतदपि उक्तमस्ति, ज्ञानम् अपि च प्रयत्नः इमौ द्वौ गुणौ आत्मनि मरणानन्तरमपि तिष्ठति इति उक्तमस्ति. अस्तु, हा, तर्हि भवान् किं पृच्छति इदानीं? अपि च ज्ञानं
इदानीं भगिनी एकमेव मम प्रश्नः, एकमेव तर्कः अयं स्थापयामि. यदा ज्ञानेच्छक्रिया कृतिः नित्यः भवति तदा कार्यं भवेत् इति किमपि नियमः नास्ति इति तेषां तर्कं. मम तर्कस्तु
नैयायिकानां तर्कं तथा.
नैयायिकानां मास्तु, इदानीं सन्ध्या भगिनी अनन्तरं सरला भगिनी अपि उक्तवन्तः किल, राजेन्द्र महोदयः अपि. किन्तु मम पुनः प्रश्नः तस्य, मम कृते, अहं तु जीवात्मा, मम कृते घटस्य ज्ञानमस्ति, घटनिर्माणज्ञानमपि अस्ति, कथं निर्माणं निर्मातव्यम् इति ज्ञानमस्ति, इच्छा अपि अस्ति, कृतिः अपि अस्ति. किन्तु मम कृते अन्य मृद् चक्रदण्डादिपदार्थाः नास्ति, अतः घटकार्यं न भवति.
सत्यम्.
एतत् सन्दर्भे मम कृते ज्ञान इच्छ कृतिः नित्यः इति अङ्गीकर्तव्यं किल. कार्यं तु न भवति, किन्तु मम कृते ज्ञान इच्छा कृतिः नित्यः इति अङ्गीकर्तव्यम्. इत्युक्ते मम सकाशात् ईश्वरस्य नित्यत्वं, नित्यत्वस्य कः भेदः इति मम प्रश्नः.
यतोहि भवतः आत्मनि तादृशकृतिः नित्या नास्ति.
किमर्थं?
शरीरः नश्यति चेत् शरीरं
किन्तु ज्ञानम् इच्छा कृतिः शरीरस्य धर्मः नास्ति किल.
ओके, अस्तु, आत्मनः धर्मः अस्ति तर्हि.
आत्मनः धर्मः, जीवात्मनः तु नित्यः अपि. एते गुणाः समवायसम्बन्धेन अपि, समवायसम्बन्धेन आत्मनि सन्ति.
इत्युक्ते भवान् वदति ज्ञानं सर्वदा तिष्ठति आत्मनि इति.
हा
हा हा, अस्तु, तत्र वारंवारम् अस्माकं वर्गे आगतमस्ति यत् ज्ञानं क्षणिकम् अस्ति इति. ज्ञानं क्षणिकम् इति वारं वारं वयं दृष्टवन्तः, तस्य अर्थः कः तर्हि?
ज्ञानस्य ज्ञानं क्षणिकम् इत्युक्ते ज्ञानस्य यदा एकः घटः अहं पश्यामि तत्र ज्ञानस्य वयं वेदान्ते किं वदामः, मेनिफेस्टेशन् इति, व्याप्यः भवति, तत्तु क्षणिकम्. किन्तु एतेषां मते ज्ञानम् एकं गुणं, तद्गुणं समवायसम्बन्धेन आत्मनि अस्ति. यत् यद्यत् समवायसम्बन्धेन अस्ति तत् कारणनाशेन एव तत् कार्यस्य नाशः अपि भवति इति एतादृश.
तर्हि गुणनाशस्य केवलम् आश्रयनाश इति न, अपरेषां कारणेनापि गुणनाशः भवति इति पूर्वमपि वयं दृष्टवन्तः अस्माकं वर्गे. इत्युक्ते प्रायः तत्र
अहं चिन्तयामि भगिनी, मम अवगमनं एतदेव अहं स्थापयामि. यस्य यदा ज्ञान इच्छा कृतिः नित्यम् इति वदामश्चेत् तत्र कार्यं सर्वदा भवेत् एव इति मम पक्षः.
हा, इति भवतः पक्षः. किन्तु ते अपि वदन्ति यत् यावत्पर्यन्त यथा जीवात्मनः विषये उदाहरणं दत्तवान् खलु भवान्, ज्ञानमस्ति, कृति अस्ति, सर्वम् अस्ति, किन्तु घटनिर्माणार्थं मृद् नास्ति इति कार्यं न जायते. हा, तादृशतर्कः परमात्मनः अपि अस्ति. परमात्मनि ज्ञानम् इच्छा
तत्र तद् अवगतम् इत्युक्ते मम कृते, मम जीवात्मनः कृते अपि ज्ञान इच्छा कृतिः नित्यः इति अङ्गीकर्तव्यम्.
तर्हि ज्ञानं क्षणिकम् इति ये वदन्ति तस्य विरुद्धं जातं खलु. क्षणम् इत्युक्ते न सर्वदा इति, अनित्यत्वम् इत्यस्य सूचकः.
ईश्वरस्य ज्ञानमपि क्षणिकं वा?
न, ईश्वरस्य नित्यत्वेन अस्ति ज्ञानं. किं कृतिः अपि च
इत्युक्ते ज्ञानद्वयम् अस्ति वा? एकं तु क्षणिकम्, एकं तु नित्यम् इति.
हा, जीवात्मनः यद् ज्ञानं ते वदन्ति तादृशज्ञानं तु स्वशरीरसंयोगेन एव जायते इति ते वदन्ति.
ओ, सो ज्ञानस्य द्वैविध्यं ते अङ्गीकुर्वन्ति
इति भाति. अत्रापि उक्तम् अस्मदादीय
लक्षणं पुस्तके अहं पश्यामि, ज्ञानस्य लक्षणं पश्यामि. यदा ज्ञानस्य द्वैविध्यं ते वदन्ति एतादृशं, एकं तु क्षणिकम्, अन्यं तु नित्यं. क्षणिकज्ञानं तु जीवे एव भवति, ईश्वरस्य नित्यज्ञानमेव अस्ति
इति तेषां मतमस्ति महोदय. ज्ञाने च कृतयः ईश्वरे नित्याः, किन्तु अस्मदादीनां ज्ञानम् अनित्यं, क्षणिकं. वारं वारम् अस्मिन् वर्गे अपि ज्ञानं क्षणिकम् इति आगतमस्ति. तर्हि तत्र भेदः अस्ति इति भाति. यद्यपि जीवात्मा, विभुः, नित्यम् एतत् सर्वम् अङ्गीक्रियते, परन्तु तस्मिन् ज्ञानं नास्ति इति. अस्तु, एतस्य विषये सर्वान् प्रश्नान् ममापि प्रश्नाः सन्ति. समीचीनमेव, कुत्रचित् स्थापयामि मम आवल्यम्.
अस्तु,
अस्तु,
धन्यवादः.
धन्यवादः.